सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं वदामि। अकृत्वा परसन्तापम् अगत्वा खलनं रताम् अनुसृज्य सतां वर्त्मा यत्स्वल्पमपि तद्बहु। इत्युक्ते परपीडनम् अकृत्वा दुष्टजनानाम् आश्रयम् अप्राप्य सज्जनानां मार्गम् अत्यक्त्वा सर्वे जीवनयापनं कुर्वन्तु। एवं कृते सति यत् स्वल्पं फलम् अस्माभिः प्राप्यते तदेव बहुफलम् इति चिन्तयित्वा कार्यं करोतु। किमर्थं चेत् स एव चिरस्थायि इत्युक्ते बहुकालपर्यन्तं शुभपरिणामकरं भवति अस्माकं कृते। इत्युक्ते अत्र तादृशरीत्या अस्माकं व्यवहारः भवतु इति इमं श्लोकं वदति। अयं श्लोकं वदति, श्लोकः वदति। किन्तु अत्र किमर्थं श्लोकं पठितवती इत्युक्ते अद्यतन अस्माकं नूतनविषयः अस्ति कृत्वा प्रत्ययान्तरूपाणि। अष्टाध्याय्यां कृत्वा इत्युक्ते तत्र ककारः श्रूयते। अष्टाध्याय्यां त्वा इति वदामः, किन्तु लोकव्यवहारे साधारणतया त्वा इति एव उच्यते। अपि च अत्र गते सप्ताहे वयं स्मा इत्यस्मिन् विषये किञ्चित् चिन्तनं कृतवन्तः। स्मा इति पदस्य उपयोगः कुत्र भवति, अपि च विरक्तः महाराजः इति कथां पठितवन्तः वयं। तां कथां स्वीकृत्य नूतनानि इतोपि सार्थकानि वाक्यानि इत्युक्ते मीनिङ्ग्फुल् सेण्टेन्सस् स्मा योजयित्वा इतोपि नूतनानि सार्थकानि वाक्यानि रचयितुं भवन्तः प्रयत्नं कृतवन्तः वा? कथायां तादृश अवकाशः अथवा अत्र स्थितिः तादृशस्थितिः अस्ति वा कथायां? भवन्तः सर्वे चिन्तनं कृतवन्तः वा? इत्युक्ते नूतनानि अर्धपूरितानि वाक्यानि स्मा योजयित्वा लिखितवन्तः वा? किञ्चित् वदन्तु, प्रयत्नं कृतवन्तः चेत्।
आं भगिनि, लिखितं
श्रावयतु महोदय।
गतनवमासेभ्यः अयं सम्भाषणवर्गः प्रचलति स्म। अष्टाध्यायी इति ग्रन्थं पूर्वस्मिन् काले तु सर्वेषां कण्ठस्थे भवति स्म।
तत्र महोदय ग्रन्थः कण्ठस्थः इति वदामः वा?
आम् अस्तु भगिनि, ग्रन्थः पूर्वस्मिन् काले तु सर्वेषां कण्ठस्थः भवति स्म। पञ्चविंशति अधिकं शतं वर्षं पूर्वे स्वामी विवेकानन्दः अमेरिकादेशे गच्छति स्म। तावदेव।
उत्तमम् उत्तमम्। इतोपि धन्यवादः महोदय। भूमा भगिनी, भवती कृतवती वा?
अहं प्रयत्नं कृतवती। पाण्डवाः कौरवाः च एकदा द्यूतं क्रीडन्ति स्म। द्यूते दुर्योधनस्य मातुलस्य शकुनेः वञ्चनात् युधिष्ठिरः भ्रातृभिः पत्न्या द्रौपद्या सह द्वादशवर्षाणि वने वसति स्म। तत्र वे बहून् कष्टान् अनुभवन्ति स्म। भगवान् कृष्णस्य अनुग्रहेण धर्मस्थापनार्थं महाभारतयुद्धं कुर्वन्ति स्म.
इत्युक्ते अत्र एकम् अत्र किञ्चित् इतोपि चिन्तनं कुर्मः. गते सप्ताहे गीताञ्जलिभगिनी उक्तवती एकमेव कार्यं वयं बहुवारं कुर्मः चेत् तदा स्म इति योजयित्वा वक्तव्यम् इति तत्र गते सप्ताहे गीताञ्जलिभगिन्या उक्तमस्ति. इत्युक्ते एकमेव कार्यं बहुवारं कुर्मः चेत् इत्युक्ते तत्र ऐ यूस् टु डू दट् तथा भवति चेत् तत्र स्म इति योजयित्वा वदामः इति उक्तवती. तदपि स्मर्तव्यं. वि नीड् टु रिमेम्बर् दट्. अस्तु भगिनि वदतु.
अन्तिमे पाण्डवाः जयं प्राप्स्यन्ति स्म. धर्मराजः हस्तिनापुरस्य राजा भवति स्म. इदानीम्
अस्तु उत्तमम् उत्तमम्. अपि च उषा भगिनी वदतु वाक्यानि.
आं महोदय. यदा अहं बालिका आसं तदा मम माता प्रति आषाढमासस्य शुक्रवासरे सायङ्काले अम्मन् देव्याः मन्दिरं गच्छति स्म. अहमपि मम मात्रा साकं मन्दिरं गच्छामि स्म. आवां सुन्दराणि वस्त्राणि धृत्वा गच्छावः स्म. सा मधुरपोङ्गल् मन्दिरस्य पुरतः एव पचति स्म तथा देव्याः पुरतः तं समर्पयति स्म. पूजायाः अनन्तरं सा सर्वेभ्यः प्रसादं परिवेशयति स्म. तदनन्तरम् आवां गृहम् आगत्य भातृभिः पित्रा सह प्रसादं खादावः स्म. मम मात्रा सह बालकालस्य दिनानि स्मृत्वा अहम् आनन्दम् अनुभवामि.
अस्तु उत्तमम्. इतोपि अत्र गीताञ्जलि भगिनी भवती श्रावयतु.
आं भगिनि, मम वाक्यानि विरक्तमहाराजः कथायाः
सम्बन्धानि.
राजा जनकः बहु विशेषः अस्ति स्म. सः धार्मिकः, उद्यमशीलः, बुद्धिमान च अस्ति स्म. सः सदैव प्रजाभ्यः कल्याणं करोति स्म. करोति सकर्मक कल्याणं कर्मपदम्
इत्युक्ते अत्र किं वदामः इत्युक्ते अत्र कल्याणम् इत्युक्ते तत्र म्यारेज् इति न केवलं शुभम् इति अर्थः तत्र.
आम् आम् आं शुभम्. वने तस्य गुरोः आश्रमे राज्ञः व्यवहारः अन्ये सर्वे शिष्यानां रीतेः एव भवति स्म. सम्यक् वा भगिनि?
पुनः वदतु एकवारं.
वने तस्य गुरोः आश्रमे राज्ञः व्यवहारः अन्ये सर्वे शिष्यानां रीतेः एव भवति स्म.
बहु दीर्घं वाक्यं तत्र. तत्र वाक्यद्वयमस्ति इति भाति. वाक्यद्वयं कुर्मः चेत् इतोपि सम्यक् भवति. अन्यानि वाक्यानि श्रावयतु, नो चेत् अत्र ईमेल् माध्यमेन प्रेषयतु भगिनि वाक्यानि. पुनः एकवारं चिन्तनं कुर्मः. किमर्थं चेत् अत्र इतोपि बहु कार्यमस्ति अस्माकं कृते, बहूनि करपत्राणि सन्ति. अतः वदतु
तावदेव भगिनि. अन्यवाक्यानि स्म न योजित्वा
इत्युक्ते तत्र कथायां तत्र तादृश अवकाशः अस्ति, तादृशस्थितिः अस्ति इत्युक्ते इतोपि नूतनानि वाक्यानि कथां स्वीकृत्य वक्तुं शक्यमेव. अस्तु, धन्यवादः. अनन्तरं शोभा भगिनी वदतु.
बाल्यकाले अहं बन्धुमित्रेण सह सर्वाणि पर्वदिनानि अतीवसम्भ्रमात् आचरामि स्म. सम्भ्रमात् अपि सम्भ्रमेण द्वे अपि सम्यक् सन्ति वा भगिनि?
सम्भ्रमः इति पदमस्ति चेत् सम्भ्रमेण भवति
वा? पर्वदिने नववस्त्र धार्य सम्यक् अस्ति वा अथवा धृत्वा एव?
धृत्वा एव. किमर्थं चेत् तत्र धृत्वा एव अत्र उपसर्गः अस्ति चेदेव ल्यबन्तरूपं वदामः.
ओ अस्तु अस्तु. पर्वदिने
ल्यप्रत्ययान्तरूपं तदेव, स एव अस्माकं विषयः, अद्यतनविषयः. अत्र उपसर्गः अस्ति चेदेव ल्यबन्तरूपं सिद्ध्यति, नो चेत् कृतान्तरूपम्
आगत्य इति. पर्वदिने नववस्त्रधृत्वा वयं पूजां कुर्मः स्म, मन्दिरमपि गच्छामः स्म. वस्त्राणि नववस्त्राणि धृत्वा. हा, गणेशस्य पर्वदिने नगरे वेदिकायां बहवः कार्यक्रमाणि सन्ति स्म, यथा
अत्र कार्यक्रमाः
सन्ति स्म, यथा सङ्गीत, नृत्य इत्यादि. हरिकथा अपि अस्ति स्म, वयं कुतूहलेन शृण्मः स्म. दसरापर्वसमये वयं बन्धुमित्रगृहं तेषां निर्मितां पाञ्चालिकाप्रदर्शनानि द्रष्टुं गच्छामः स्म. दीपावलिसमये वयं गृहं परितः बहूनि दीपानि ज्वालयामः स्म.
अत्र दीपः
बहवः दीपाः ज्वालयामः
इत्युक्ते अत्र ज्वालयति, ज्वालयामः इति वदामश्चेत् तत्र कर्मपदं स्वीकरोति इति भाति.
यदा पर्वदिनानि आगच्छन्ति एतानि सर्वाणि दृश्याणि हा भवति न भगिनि? दृश्याणि
तत्र अणत्वं भवति वा, कोऽपि वदति वा? तालव्यशकारः अस्ति.
दृश्याणि एव. यदा पर्वदिनानि आगच्छन्ति एतानि सर्वाणि दृश्याणि मनःपटले चलन्ति.
उत्तमं,
तावदेव भगिनि.
उत्तमं, धन्यवादः. वंशीसुधा भगिनि वदतु वाक्यानि.
नमस्ते महोदय, क्षम्यताम्, अहं न कृतवती.
नमस्ते. अस्तु, चिन्ता मास्तु. अपि च सर्वे कृतवन्तः वा अत्र? लोकेश् महोदय, भवान् कर्तुमिच्छति वा अत्र? महोदय अद्य पुनः प्रथमवारम् आगतवान् इति भाति. अस्तु, अधुना अग्रे गच्छामि. अत्र अहं कानिचन करपत्राणि प्रेषितवती.
ज्वल इति धातुः अकर्मकः अस्ति इति अधुना एव अहं
दृष्टवान्. किन्तु अत्र पश्यतु महोदय, ज्वलति इति पदं साधारणक्रियापदं, किन्तु ज्वालयति अथवा ज्वालयामि इति निजन्तपदमस्ति चेत् साधारणतया कर्मपदं सम्भवति निजन्तपदेषु.
अस्तु भगिनि, निजण्टधातवः प्रायेण सकर्मकः अस्ति वा भवन्ति वा?
साधारणतया निजण्टधातुषु यदा कदापि कर्मपदद्वयमपि सम्भवति.
प्रेरणार्थक निजन्तः एव सकर्मकः वा निजन्तगणे ये धातवः सन्ति ते एव सकर्मकः, ते अपि सकर्मकः?
निच् प्रत्ययः इत्युक्ते प्रेरणार्थक निच् एव. प्रेरणार्थक निच् अस्ति चेत् तदा कर्मपदद्वयं सम्भवति. अत्र धातुः सकर्मकधातुः अस्ति चेत् अत्र प्रेरणार्थे एव निच् योजयामः, यथा पठ् पाठि. किन्तु तत्र चुरादिगणीयधातवः सन्ति, ताडयति तर्जयति इति धातवः सन्ति. तत्र चुरादिगणीयधातुषु रूपं समानमेव, स्वार्थे अपि च प्रेरणार्थे. तस्य रूपं समानमेव, किन्तु अत्र निच् निजन्तरूपाणां विषये यदा वयं पठामः तत्र प्रयोजककर्ता प्रयोज्यकर्ता तत्र तादृशरीत्या तत्र प्रधानकर्मपदम् अपि च कर्मपदद्वयं सम्भवति निजन्तवाक्येषु यदा कदापि.
अस्तु भगिनि.
अनन्तरम् अत्र प्रथमतया करपत्रं सर्वेषां पुरतः स्थापयन्तु. अत्र बाल्यकालस्मरणम् इति करपत्रमस्ति, सर्वेषां पुरतः करपत्रमस्ति चेत् एकवारं करपत्रे किं दत्तमस्ति स्म इत्यस्मिन् विषये एव दत्तमस्ति तं करपत्रम् अधुना पठामः. भूमा भगिनी, भवत्याः पार्श्वे करपत्रमस्ति वा?
आं भगिनि.
अपि च भूमा भगिनी अपि च उषा भगिनी भवत्यौ पठताम्.
बाल्यकालस्मरणं स्म. विनय, सप्ताहात् पूर्वं परीक्षिताचार्यः स्वर्गस्थः इति वार्ता.
एवं वा? बहु वृद्धः आसीत् सः, बहु शास्त्राणि जानाति स्म, सम्यक् पाठयति स्म आचार्यः.
किन्तु भवान् तु न पठति स्म.
तदा तु बाल्ये वयं विद्यालयं न गच्छामः स्म, त्वमपि आम्रफलं खादसि स्म सदा. मम मित्राणि अपि अटन्ति स्म.
सत्यं, मम गृहे अपि भगिन्यौ अम्बां वदतः स्म, माता तर्जयति स्म, पिता तु कोपेन ताडयति स्म.
किन्तु मम गृहे बहु न तर्जयन्ति स्म, अहं तु रात्रौ पठामि स्म, प्रथमां श्रेणीं प्राप्नोमि स्म.
ते प्रियङ्का मालविका च सदा कलहं कृतः स्म, स्मरति वा? बहु विनोदः भवति स्म.
एवम्, आवां ते द्वे अपि पीडयावः स्म, ते द्वे रोदनं कुरुतः स्म.
भोहो, इदानीं पठावः, श्वः एव परीक्षा. बाल्यकालस्य दिनानि अतिमधुराणि, सर्वदा स्मरणयोग्यानि.
उत्तमम् उत्तमम् इत्युक्ते अत्र भगिनी एकवारं पूमा भगिनी भवती एव वदतु अत्र कथायाः कथा न सम्भाषणस्य शीर्षिका का?
बाल्यकालस्मरणं.
बाल्यकालस्मरणम् इत्युक्ते तत्र कानि पदानि सन्ति, कति पदानि सन्ति तस्मिन्?
बाल्यकालस्मरणं बाल्यस्य
तत्र त्रीणि पदानि सन्ति अत्र समस्तपदं तत्र समस्तपद इत्युक्ते अत्र बाल्यकालस्य स्मरणं तत्र षष्टिविभक्तेः लोपः जातः अतः षष्टि तत्पुरुषसमासः इति वदामः तत्र किन्तु बाल्यकालः इति वदामश्चेत् तत्र बाल्यम् इति कालः इति वदामश्चेत् तत्र कर्मधारयसमासः सम्भावनापूर्वद पूर्वपदकर्मधारयसमासः इति वदामः तत्र समस्तपदम् अस्ति. किन्तु अत्र अस्मिन् सम्भाषणे स्म इति पदं योजयित्वा एतत् सम्भाषणं लिखितमस्ति. अपि च अत्र सप्ताहात् तत्र विभक्तिः का?
सप्ताहात् पञ्चमी विभक्ति.
किमर्थं?
पूर्वम् अस्ति.
पूर्वमस्ति. पूर्वम् इति पदमस्ति चेत् उत्तमं. सप्ताहात् पूर्वं सप्ताहात् पूर्वम् अत्र पञ्चमी पूर्वम् इति पदम् अस्ति इति कृत्वा पञ्चमीरूपं दत्तमस्ति. अपि च आचार्यस्य नाम किम्?
आचार्यस्य परीक्षा वृद्धः आसीत्. नाम नहिले परीक्षित
परीक्षित इत्युक्ते अत्र विजयविनयोः आचार्यस्य नाम परीक्षित् यथा भवत् शब्दवत् वयं जानीमः महाभारते अपि परीक्षित् अस्ति. इत्युक्ते तत्र परि इति उपसर्गपूर्वकः ईक्ष धातुः. ईक्ष इत्युक्ते ईक्षते इत्युक्ते शोभा भगिनी वदतु. ईक्षते
ईक्षते इत्युक्ते दृश्यते अवलोकते.
उत्तमम्. अवलोकते अवलोकते किञ्चित् ध्वनिः अस्ति. किमर्थम्? अस्तु. अत्र ईक्षते इति धातु ईक्ष धातुः अस्ति. ईक्ष धातुः ईक्षते इति आत्रेपदीरूपम्. अत्र परीक्षित् इति तस्य आचार्यस्य नाम अस्ति. इत्युक्ते दर्शने. अत्र शोभा भगिनी एकवारं वदतु ईक्ष धातोः रूपाणि, आत्मनेपदी धातोः रूपाणि वदतु.
ईक्षते ईक्षेते ईक्षन्ते नवरूपाणि.
नवरूपाणि वदतु.
ईक्षसे ईक्षेथे ईक्षध्वे ईक्षे ईक्षावहे ईक्षामहे.
सुन्दरं सुन्दरम्. इत्युक्ते वयं जानीमः परीक्षा इति पदं जानीमः. अत्र अहं चिन्तयामि तत्र टाप् टाप् इति एकः प्रत्ययः अस्ति. स्त्रीप्रत्ययम् इति वदामः. स्त्रीप्रत्ययः स्त्रीप्रत्ययं योजनेन तत्र परीक्षा इति यथा लतावत् रूपं सिद्ध्यति. अत्र णीप् प्रत्ययः स्त्रीप्रत्ययः णीप् इति स्त्रीप्रत्ययः अस्ति. तथा एव टाप् स्त्रीप्रत्ययः. णीप् प्रत्ययः योजयामश्चेत् ई अत्र सुन्दरी तथा ईकारान्तपदं सिद्ध्यति. टाप् योजनेन आकारान्तपदं सिद्ध्यति. किन्तु स्त्रीलिङ्गपदं. भगिनी भूमा भगिनी अत्र परीक्षिताचार्यः कीदृशः?
स्वर्गतः स्वर्गस्थः.
स्वर्गस्थः. अत्र वदतु स्वर्गस्थः इत्युक्ते किम्?
मृत्युं मृतवान्.
सुन्दरं. मृतवान् तावदेव. इत्युक्ते वयं जानीमः एव गृहस्थः इत्युक्ते तत्र समस्तपदं समस्तपदमस्ति. अतः यः गृहे तिष्ठति सः गृहस्थः. तथा अस्ति चेत् अत्र किं वदामः विग्रहवाक्यं? यः स्वर्गे स्वर्गे तिष्ठ वदतु भगिनि. सम्यक् एव.
स्वर्गे गच्छति स्म.
न यः स्वर्गे तिष्ठति
तिष्ठति.
इत्युक्ते अत्र स्थाधातु स्थाधातुतः स्थः इति पदम् आगतम्. यत्र गृहस्थः इति समस्तपदं. यः गृहे तिष्ठति सः गृहस्थः. यः स्वर्गे तिष्ठति सः स्वर्गस्थः. तथा भवति समस्तं पदम् अत्र. परीक्षिताचार्यः स्वर्गस्थः इति वार्ता. अनन्तरं अत्र द्वितीयवाक्ये बहुवृद्धः आसीत् सः. बहु शास्त्राणि जानाति स्म. अत्र बहु शास्त्राणि जानाति स्म, अत्र अहं चिन्तयामि किञ्चित् मुद्रणदोषः अस्ति इति अहं चिन्तयामि. किमर्थं चेत् तत्र पृथक् कृत्वा लिखामश्चेत् बहूनि शास्त्राणि जानाति स्म.
बहुशास्त्राणि समस्तपदम् अस्ति.
बहुशास्त्राणि समस्तपदम् इति वयं मन्यामः चेत् तत्र मिलित्वा लेखनीयं बहुशास्त्राणि इति, एकमेव पदं कृत्वा लेखनीयम् इति अहं चिन्तयामि. किन्तु पृथक् कृत्वा लिखामश्चेत् बहूनि शास्त्राणि जानाति स्म. अत्रापि वयम् एकमेव बहूनि शास्त्राणि जानाति इति इत्यस्मिन् विषये एकमेव पदं योजयितुं शक्यं तत्र. किमित्युक्ते शास्त्रज्ञः, शास्त्रज्ञः इत्युक्ते यः शास्त्राणि जानाति सः शास्त्रज्ञः. शास्त्रज्ञः इति पदमपि समस्तपदम्. बहु शास्त्राणि जानाति स्म, अपि च सः सम्यक् पाठयति स्म आचार्यः. अत्र पाठयति विषये वदतु भगिनि.
पाठयति छात्राणां पाठयति, छात्रैः पाठयति.
कथं वक्तव्यं तत्र? छात्रं पाठयति,
छात्रं पाठयति,
नो चेत् छात्रान् पाठयति.
छात्रान्,
छात्रान् पाठयति आचार्यः. अत्र प्रेरणार्थक यथा अत्र तने महोदयः उक्तवान्, अत्र पाठयति इति प्रेरणार्थकणिच् रूपं. पठति पाठयति, अत्र नूतनधातुः पाठि णिजन्तधातुः आगच्छति, पाठितः पाठयति इति रूपम् आगच्छति. अत्र विजयः वदति भवान् तु न पठति स्म. कः न पठति अत्र?
विनयः.
विनयः न पठति. किमर्थं? किं करोति स्म सः बाल्यकाले?
बाल्यकाले आम्रफलं खादति स्म. मित्राणि सह, मित्रेण सह अटन्ति स्म.
मित्रैः सह अटति स्म.
अटति स्म.
उत्तमं. सः बाल्यकाले विद्यालयं सः तदा विनयः एव वदति बाल्यकाले वयम् विद्यालयं न गच्छामः स्म, त्वमपि आम्रफलं खादसि स्म. अत्र पश्यतु भगिनी, खादति पदस्य रूपाणि वदतु.
खादति, खादतां, खादन्ति, खादसि, खादतः, खादथ, खादामि, खादावः, खादामः.
द्विवचनरूपं पुनः वदति एकवारं.
खादति, खादति, खादतः, खादन्ति.
खादति,
खादतः,
खादतः, खादति, खादतः, खादन्ति, खादसि, खादतः, खादथ, खादामि, खादावः, खादामः. अत्र पश्यतु, वयं पूर्वमेव जानीमः अत्र स्म इति योजयित्वा अत्र त्रिषु वचनेषु अपि च त्रिषु पुरुषेषु वाक्यानि सम्भवति. अत्र तस्य उदाहरणत्वेन अत्र खादसि स्म मध्यमपुरुषरूपं दत्तमस्ति. अपि च अत्र मम मित्राणि अपि अटन्ति स्म. अटन्ति इत्युक्ते किं भगिनि?
अटन्ति, भ्रमणं करोति.
भ्रमणं करोति, उत्तमम्. आङ्ग्लभाषायां तस्य अर्थः वाण्डरिङ्ग्. अत्र तदर्थमेव अत्र वयं जानीमः अन्यानि पदानि. पर्यटनं वदतु भगिनि.
रटन्ति, रटन्ति,
रटनं भिन्नं पदं, किन्तु अत्र रटनं भिन्नं पदं. परि उपसर्गपूर्वकः अत्र अटति, अत्र पर्यटनं, पर्याटकः, तादृशानि पदानि सम्भवन्ति. पर्याटकः इत्युक्ते वाण्डरर्, इति अर्थः. अत्र मम गृहे अपि भगिन्यौ अम्बां वदतः स्म. अत्र भगिन्यौ तत्र तस्मिन् विषये वदतु.
ईकारान्तः स्त्रीलिङ्गः भगिनी भगिन्यौ द्विवचनं
द्विवचनं तदर्थमेव तत्र क्रियापदं
क्रियापदं वदतः
वदतः स्म. अत्र इतोपि अत्र एकं वक्तुम् इच्छामि. अत्र अपि इति पदमस्ति. अपि इति पदं स्वीकृत्य अत्र भगिन्यौ अपि इति वदामश्चेत् भिन्नार्थं सम्भवति. मम गृहे अपि इति वदामश्चेत् अत्र भिन्नार्थः भवति. अम्बाम् अपि इति वदामश्चेत् भिन्नार्थः भवति. इत्युक्ते अत्र अपि इति पदं कुत्र अस्ति तस्य तदाधारीकृत्य एव तत्र वाक्ये तस्य अर्थम् आगच्छति. अत्र पश्यतु एकवारं मम गृहे अपि इति वदामश्चेत् एकः अर्थः, मम गृहे भगिन्यौ अपि इति वदामश्चेत् भिन्नार्थः, मम गृहे भगिन्यौ अम्बाम् अपि इति वदामश्चेत् भिन्नार्थः सम्भवति. इत्युक्ते अपि इति पदम् अव्ययपदं, किन्तु पदं कुत्र अस्ति इति दृष्ट्वा तस्य आधारेण एव तस्मिन् वाक्ये भिन्नभिन्न अर्थाः तत्र भवन्ति. अवगतं वा?
आं भगिनि.
अस्तु, तदेव. अपि च माता तर्जयति स्म, पिता तु कोपेन ताडयति स्म. अत्र तर्जयति अपि च ताडयति. अत्र द्वयमपि क्रियापदद्वयमपि चुरादिगणीयधातवः, तर्ज अपि च ताड. अत्र किन्तु अत्र कोपेन कोपेन इत्यस्मिन् विषये वदतु भगिनि.
कोपः कोपेन कोपेन चतुर्थी विभक्ति
न न न न भगिनि कोपेन
ओहो रामेण तृतीयाविभक्ति तृतीयाविभक्ति
तृतीयाविभक्ति उत्तमम्. इत्युक्ते अत्र भाववाचकतृतीया वयं पठितवन्तः. कोपेन ताडयति स्म. किन्तु मम गृहे बहु न तर्जयन्ति स्म. किमर्थम्?
अहं चतुरः
चतुरः चतुरः किं कथं कथम् इत्युक्ते विनयः वदति किन्तु मम गृहे बहु न तर्जयन्ति स्म. किमर्थम् इत्युक्ते अहं तु रात्रौ पठामि स्म, प्रथमां श्रेणीं प्राप्नोमि स्म, अतः मम पिता वा माता वा न तर्जयन्ति स्म. अत्र प्राप्नोमि, अत्र पश्यन्तु, प्रथमां श्रेणीं प्राप्नोमि स्म इति दत्तमस्ति. अहं पूर्वमपि उक्तवती अत्र प्रा उपसर्गपूर्वकः आप् धातुः अस्ति. किन्तु अत्र अहं नगरं प्राप्नोमि अथवा अहं ग्रामं प्राप्नोमि इत्यस्मिन् अर्थे तत्र प्राप्नोति अथवा प्राप्नोमि इति रूपम् आगच्छति. अत्र प्रथमां श्रेणीं प्राप्नोमि, अत्र भिन्नार्थः. इत्युक्ते प्राप्नोति इति पदस्य उपयोगः भिन्नरीत्या भवति. अत्र प्रथमां श्रेणीं प्राप्नोमि. अत्र श्रेणी इत्युक्ते किं भगिनि? अत्र
श्रेणी ग्रेड्
ग्रेड् प्रथमां श्रेणीं प्राप्नोमि. उत्तमम्. इत्युक्ते अत्र नगरं प्राप्नोमि इत्यस्मिन् अर्थे अपि तत्र तादृशरीत्यापि तस्य पदस्य उपयोगः भवति. भवती वक्तुं शक्नोति वा प्राप्नोमि इति पदस्य नवरूपाणि?
प्राप्नोति प्राप्नोतः
कः वदति अत्र उषा भगिनी वदतु.
प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति, प्राप्नोसि, प्राप्नुतः, प्राप्नुथ, प्राप्नोमि, प्राप्नुवः, प्राप्नुमः.
मध्यमपुरुषे एकवचनं पुनः एकवारं.
प्राप्नोषि,
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 प्राप्नोषि. यथा अत्र आप्नोषि तथा एव प्राप्नोषि इति भवति. अत्र किञ्चित् भिन्नरूपाणि अत्र प्राप् यथा भवती उक्तवती प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति, तादृशरीत्या रूपाणि भवन्ति, किञ्चित् भिन्नरूपाणि अत्र. अपि च अत्र आप् धातुः स्वादिगणीयधातुः, किन्तु अत्र सकर्मकधातुः स्वादिगणीयधातुः. अत्र आप्नोति, आप्नुतः, तादृशरूपाणि सम्भवन्ति. अपि च अत्र इतोपि किमस्ति, रात्रौ रूपं वदतु भगिनि.
रात्रौ सप्तमी विभक्ति.
सप्तमी विभक्ति, उत्तमम्. अपि च विनय, ते प्रियाङ्का, प्रियङ्का, मालविका च सदा कलहं कुरुतः स्म. अत्र ते इति दत्तमस्ति, तस्मिन् विषये वदतु भगिनि.
ते, ते विवचनं सर्वनामपदं, सा, ते, ताः, श्रीलिङ्गं द्विवचनं.
सुन्दरम्. अन्यत्र कुत्र आगच्छति ते?
ते
तदेव रूपं, तदेव रूपम्. अन्यत्र, अन्यत्रापि ते इति रूपम् अस्ति. कुत्र अस्ति? शोभागिनी वदतु, वदतु शोभा भगिनी वदति वा.
सः तौ ते भगिनी पुंलिङ्गे बहुवचने.
सुन्दरम्. अपि तवापि अस्ति, तवा ते इत्युक्ते युष्मत्शब्दः. युष्मत्शब्दं पश्यामश्चेत् षष्टिविभक्ति, त्वं शब्दस्य वैकल्पिक वैकल्पिकरूपम् अस्ति. किन्तु अत्र सर्वनाम, केवलं सर्वनामपदं स्वीकृत्य वदामश्चेत् ते इति रूपम् अन्यत्र कुत्र आगच्छति? शोभा भगिनी वदतु.
क्षम्यतां भगिनि, पुनरेकवारं वदतु.
ते इति पदम् अन्यत्र, अन्येषु स्थलेषु कुत्र पश्यामः?
तां द्वितीयविभक्ति, सा, ते, ताः, तां, ते, ताः, अपि तव, ते, हा,
तुभ्यं, ते अपि भवति.
तुभ्यं, ते अपि अस्ति. अपि च हंसि सुधा भगिनी वदतु.
तत्ते, तानि, तत्ते, तानि.
सुन्दरम्, सुन्दरं. तदेव अहं श्रोतुमिच्छामि. इत्युक्ते पुंलिङ्गे पुंलिङ्गे बहुवचने सः तौ ते, तत्र पुंलिङ्गबहुवचने आगच्छति. अपि च स्त्रीलिङ्गे सा, ते, ताः द्विवचने, तथा एव नपुंसकलिङ्गे द्विवचने, तत्ते, तानि. परन्तु अत्र, अत्र लिङ्गं किं भगिनि?
स्त्रीलिङ्गं.
प्रियङ्का, मालविका च तयोः कृते, इत्युक्ते ते बालिके, ते बालिके किं कुरुतः स्म?
कलहं कुरुतः स्म.
अस्मिन् वाक्ये कर्मपदं किं?
कुरुतः. कर्मपदं कलहं.
कलहं, उत्तमम्. अपि च अत्र स्मरति इति क्रियापदमस्ति. अत्र स्मरति इति क्रियापदं स्मृ धातोः रूपं. स्मरति, एकवारं स्मरति पदस्य रूपाणि वदतु.
स्मरति, स्मरतः, स्मरन्ति, स्मरसि, स्मरतः, स्मरथ, स्मरामि, स्मरावः, स्मरामः. भगिनी
उत्तमं स्मरामि स्मरावः स्मरामः अपि च विनोदः भवति स्म तत्र कर्मपदं नास्ति किमर्थं चेत् भूत् अकर्मकधातुः अपि च आवां ते द्वे अपि पीडयावः स्म इति वाक्यमस्ति अस्मिन् वाक्ये अत्र कर्मपदमस्ति वा
कर्मपदम्
आवां ते द्वे अपि पीडयावः स्म अत्र कः वदति अत्र गीतांजलि भगिनी वदतु
ते द्वे कर्मपदं
ते द्वे कर्मपदं किमर्थम् इत्युक्ते वदतु भगिनि
ते द्वे पीडयावः
आवां पीडयावः ते द्वे
ते द्वे इत्युक्ते तत्र द्वितीया विभक्ति द्विवचनरूपं किन् इत्युक्ते प्रथमाविभक्ति द्विवचनं द्वितीया द्विवचनं समानमेव किन्तु अत्र आवां पीडयावः के पीडयावः ते द्वे पीडयावः अपि च ते द्वे ते अत्र ते द्वे रोदनं कुरुतः अत्र ते द्वे इति दत्तमस्ति विभक्तिः का भगिनि
प्रथमाविभक्ति द्विवचनं
इत्युक्ते प्रथमे वाक्ये द्वितीया द्विवचनं अपि च ते द्वे रोदनं कुरुतः तत्र प्रथमा एकवचनं प्रथमाद्विवचनं
कर्तृपदम्
कर्तृपदं ते द्वे रोदनं कुरुतः अत्र रोदनम् इति पदमस्ति रोदनम् इति पदं ल्युडन्तरूपं रुद् धातोः रूपं रोदनम् अत्र कोऽपि वदति वा रोदति अत्र रोदिति तस्य रुद् धातोः रूपाणि कोऽपि वदतु एकवारं सम्यक् स्मरणं भवति वंशीसुधा भगिनी वदति वा रुद् धातोः रूपाणि
प्रयत्नं करोमि भगिनि रोदति रुदितः रुदन्ति रुदसि रुदसि अहं न जानामि भगिनि रुदतः रुदतः रुदामि रुदावः रुदामः अहं सम्यक् न जानामि भगिनि
सम्यक् कः वदति अत्र तनय् महोदय वदतु एकवारम्
अहमपि सम्यक्तया न जानामि अहं चिन्तयामि
अस्तु अत्र कः वदति उषा भगिनी वदतु
रुदतः रोदति
रोदिति रोदिति
रुदतः रुदन्ति रुद रुद रुदशी
रोदिषि
रोदिषि रोदिषि अस्ति वा भगिनि रोदिषि रुदितः रुदित रुधामि रुदावः रुदामः
सुन्दरं रुदावः रुदामः
भगिनि अहं चिन्तयामि तत्र रोदिमि रुदिवः रुदिमः अस्ति अधुना रुष्टवान् वदामि
दृष्ट्वा वदतु महोदय
रोदिति रुदितः रुदन्ति रोदिषि रुदितः रुदित रोदिमि रुदिवः रुदिमः
उत्तमम् उत्तमम् तथा एव अत्र अस्मिन् इतोपि के के शब्दाः सन्ति इत्युक्ते तत्र जानाति इति पदमपि अस्ति अस्मिन् वाक्ये जानाति इति पदस्य रूपाणि अपि किञ्चित् प्रथमे अत्र द्वितीये वाक्ये बहुशास्त्राणि जानाति इति पदमस्ति अत्र ज्ञाधातोः रूपाणि ज्ञातव्यानि ज्ञाधातोः रूपाणि लट्लकाररूपाणि. अत्र ज्ञाधातुः उभयपदी धातुः, अत्र जानाति जानीते तत्र रूपाणि सम्भवन्ति. कोऽपि वदति वा अत्र रूपाणि? लोकेश् महोदय, भवान् वक्तुमिच्छति वा अत्र? नो चेत् गीताञ्जलि भगिनी भवती वदतु.
ज्ञानाति ज्ञानीतः ज्ञानन्ति. सम्यक् न स्मरामि भगिनि.
अत्र अत्र एक अहं परस्मैपदरूपाणि अहं वदामि. जानाति जानीतः जानन्ति जानासि जानीतः जानीथ जानामि जानीवः जानीमः तादृशरीत्या रूपाणि भवन्ति. किन्तु आत्मनेपदरूपाणि किञ्चित् भिन्नानि भवन्ति. कः वदति आत्मनेपदरूपाणि? प्रयत्नं कुर्वन्तु. प्रथमतया दृष्ट्वा वदन्ति चेत् अपि सम्यक् एव. वदतु महोदय सर्वेषां कृते.
जानीते जानाते जानते जानीषे जानाथे जानीध्वे जाने जानीवहे जानीमहे.
उत्तमं. साधारणतया वयं वदामः न जाने न जाने. साधारणतया वयं किं चिन्तयामः? हिन्दीभाषापदम् इति चिन्तयामः, न जाने. किन्तु न जाने जाने इति पदं ज्ञाधातोः आत्मनेपदी उत्तमपुरुषे एकवचनरूपं जाने. उत्तमम्. अपि च तादृशरीत्या एव करोति इति पदस्य करोति इति पदं तत्रापि क्रूधातुः क्रूधातुः अपि उभयपदी धातुः. करोति कुर्वे. करोति इति परस्मैपदरूपम् अस्ति, कुरुते इति आत्मनेपदरूपं. कुरुते इति पदस्य रूपाणि एकवारं शृणुमः. कः वदति अत्र? उषा भगिनी वक्तुम् इच्छति वा?
कुरुते कुर्वाते कुर्वते कुरुषे कुर्वाथे कुरुध्वे कुर्वे कुर्वहे कुर्महे
कुर्वहे कुर्महे. सुन्दरं सुन्दररीत्या उक्तवती. उत्तमम्. इत्युक्ते अपि च इतोपि अत्र अन्यः विषयः कः इत्युक्ते पाठयति इति निजन्तधातुः. अत्र पाठि इति निजन्तधातुः, किन्तु पाठि इति धातुः धातुपाठे न दृश्यते, केवलम् अस्माभिः निर्मितः धातुः इति तत्र पाठि इति धातुः. किन्तु ताडयति तर्जयति इति क्रियापदानि चुरादिगणीयधातवः. अपि च इतोपि अन्यः विषयः अस्ति, ज्ञा इति धातुः आकारान्तधातुः, तथा एव दा धातुः आकारान्तधातुः, पा अपि आकारान्तधातुः. अपि च स्मृ स्मृ अथवा क्रु हृ एते धातवः ऋकारान्तधातवः अजन्तधातवः. तथा एव अत्र इतोपि धातूनां विषये इतोपि किमस्ति, पठ् धातुः खाद् धातुः हलन्तधातवः. तत्र हल् वर्णः अन्ते अस्ति इति कृत्वा हलन्तधातवः इति वदामः. अपि च अन्तिमं वाक्यम् अस्ति अत्र अस्मिन् सम्भाषणे, इदानीं पठावः श्वः एव परीक्षा इति दत्तमस्ति. पठावः भवन्तः जानन्ति एव द्विवचनरूपम्, उत्तमपुरुष द्विवचनरूपम्. बाल्यकालस्य दिनानि अतिमधुराणि सर्वदा स्मरणयोग्यानि. अत्र वदतु भगिनि, स्मरणयोग्यानि इत्युक्ते किम्?
स्मरणीयं
स्मरणीयानि स्मरणीयानि. तत्र किमस्ति इत्युक्ते अनियर् प्रत्ययः अस्ति. स्मरणीयम् अनियर् अथवा तत्र तव्यत् प्रत्ययं योजयित्वा वदामश्चेत् स्मर्तव्यम् अत्र तथा एव तादृश अर्थः एव अस्ति स्मरणयोग्यानि अतिमधुराणि अतिमधुराणि स्मरणयोग्यानि कानि
बाल्यकालदिनानि
दिनानि इत्युक्ते दिनानि इति पदस्य विशेषणानि अतिमधुराणि स्मरणयोग्यानि अत्र स्मृधातोः ल्युडन्तरूपं स्मरण स्मृधातोः अत्र स्मृधातुतः ल्युट् रूपं स्मरण आगतं तत्र ऋकारः अस्ति इति कारणतः तत्र णत्वम् आगतं यथा तथा एव वयं लोट्लकाररूपं स्मृधातोः लोट्लकार उत्तमपुरुषरूपं पश्यामश्चेत् अपि तत्र स्मराणि इति रूपं स्मराणि इति रूपं सिद्ध्यति रेफकारणात् तदेव अस्मिन् सम्भाषणे सम्भाषणं तत्र कोऽपि क्लेशः नास्ति सुलभः एव अधुना अत्र कोऽपि वदति वा अहं शब्दस्य रूपाणि वदति वा एकविंशतिरूपाणि अत्र अस्मिन् सम्भाषणे तत्र आवाम् इति पदं दत्तमस्ति वयं जानीमः अत्र अस्मत् शब्दस्य द्विवचनरूपं किन्तु एकवारं शृणुमः कः वक्तुं शक्नोति अस्मत् शब्दः वदतु भगिनि
अहम् आवां वयं मां मा आवां नौ अस्मान् नः मया आवाभ्याम् अस्माभिः मह्यं मे आवाभ्यां नौ अस्मभ्यं नः मत् आवाभ्याम् अस्मत् मम मे आवयोः नौ अस्माकं नः मयि आवयोः अस्मासु
उत्तमम् उत्तमम् अपि च अस्मिन् सम्भाषणे अत्र किमस्ति आसीत् इति पदमस्ति आसीत् इति तस्मिन् विषये आसीत् इति वयं जानीमः लङ्लकाररूपम् अस्धातोः लङ्लकाररूपं कोऽपि वदति वा अस्धातोः लङ्रूपाणि नवरूपाणि किञ्चित् भिन्नानि वदतु भगिनि
आसीत् सः
प्रथमतया लट्लकाररूपाणि वदतु एकवारं वयं सर्वे शृणुमः अभ्यासः भवति
अस्ति स्तः सन्ति असि स्थः स्थ अस्मि स्वः स्मः
उत्तमम् उत्तमम् अपि च अत्र लङ्रूपाणि लङ्रूपाणि अपि स्मर्तव्यानि वंशसुधा भगिनि वदति वा
आं भगिनि आसीत् आस्ताम् आसन् असीः आस्तम् आस्त आस्म आस्व क्षम्यताम् आसम् आसम् आस्व आसम् आस्म
आस्म आसीत् आसीत्
आस्ताम्
पुनः
आं भगिनि आसीत् आस्ताम् आसन् असीः आस्तम् आस्त अस्तु भगिनि आस्त आसम् आस्व आस्म
अत्र मध्यमपुरुषे एकवचनं वदतु एकवारम्
एक मध्यमपुरुषे एक असीः 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 आम् आं भगिनि
उत्तमं धन्यवादः अनन्तरम् अधुना वयं द्वितीयं करपत्रं पश्यामः तत्र नाम तस्य नाम न दृश्यते किन्तु तत्र शीर्षिका अस्ति गुरुकुलम् इति शीर्षिका अस्ति अत्र शोभा भगिनी पठतु अत्र
आं भगिनि एकनिमिषं गुरुकुलम् हा
अद्य यथा विद्यालयाः भवन्ति तथा प्राचीनकाले गुरुकुलानि भवन्ति स्म। गुरुः छात्रेभ्यः वासव्यवस्थां कल्पयित्वा बोधयति स्म। केचन शास्त्राणि अध्येतुं गुरुकुलम् आगच्छन्ति स्म, पुनः केचन शस्त्रकौशलं प्राप्तुं, केचन वैद्याः भवितुं, वेदान्तग्रन्थान् पठितुं च तत्र आगच्छन्ति स्म। यः यत् प्राप्तुम् इच्छति तत् ददाति स्म गुरुः। गुरुकुले छात्राः स्नातुं नदीं गच्छन्ति स्म। धेनुवृषभादीन् चारयितुं वनं गच्छन्ति स्म। कन्दमूलफलानि आनेतुं, समिदः सङ्ग्रहीतुं च अरण्यं गच्छन्ति स्म। तण्डुलादिकं प्राप्तुं ग्रामान् गच्छन्ति स्म। गुरुकुलं चालयितुं नृपाः साहाय्यं कुर्वन्ति स्म। धनिकाः अपि साहाय्यं कर्तुम् उत्साहं दर्शयन्ति स्म। किन्तु गुरुः स्वावलम्बिजीवनं यापयितुम् इच्छति स्म, अतः तादृशं साहाय्यं प्राप्तुं न इच्छति स्म।
उत्तमम्। इत्युक्ते एतत् सम्भाषणं नास्ति। एतस्य नाम किम् इत्युक्ते लेख्यबन्धः इत्युक्ते एस्से। एस्से इति वदामश्चेत् तत्र निबन्धः अथवा लेख्यबन्धः इति शब्दकोशे दत्तमस्ति। अत्र तस्य लेख्यबन्धस्य नाम अस्ति गुरुकुलम्। अत्र गुरुकुलम् इत्यस्य बहुवचनरूपं वदतु भगिनि।
गुरुकुलं गुरुकुलानि।
गुरुकुलानि उत्तमं। गुरुकुलम् इत्युक्ते किम्?
यत्र गुरुः शिष्यानि पाठं बोधयति।
शिष्यान् बोधयति उत्तमम्। अपि च अत्र गुरुकुलवासी। गुरुकुलवासी इत्युक्ते अत्र छात्राः एव। अत्र गुरुः छात्रेभ्यः वासव्यवस्थां कल्पयित्वा बोधयति स्म। अत्र छात्रेभ्यः रूपं किम्?
बहुवचन छात्रेभ्यः चतुर्थी विभक्ति
उत्तमम्। वासव्यवस्थां कल्पयित्वा, अत्र वासव्यवस्था इत्युक्ते?
अत्र अहं चिन्तयामि वासव्यवस्थां किमपि शिक्षणं तां वासव्यं साहाय्यं करोति तत् तानि शिक्षणानि।
अत्र वासव्यवस्था इत्युक्ते कोऽपि वदति वा अत्र?
ओ, वासव्यवस्था तत्र गुरुकुले तत्र वासितुं व्यवस्थानि कृत्वा
निवासव्यवस्था।
उत्तमम्। इत्युक्ते निवासार्थं सज्जतां कृत्वा इत्युक्ते वासव्यवस्था इत्युक्ते बोर्डिङ्ग्। नो चेत् अत्र किं वदामः, इदानीमपि वयं शृणुमः साधारणतया वसतिगृहं। वसतिगृहम् इत्युक्ते हास्टेल्। अत्र वासव्यवस्थां तत्र गुरुः एव छात्राणां कृते वासव्यवस्थां कल्पयित्वा सः बोधयति स्म पुरातनकाले। अपि च अत्र कल्पयित्वा तत्र लट् रूपं वदतु भगिनि।
कल्पयति
उत्तमं। बोधयति स्म। केचन छात्राः शास्त्राणि अध्येतुं गुरुकुलम् आगच्छन्ति स्म। अत्र अध्येतुं रूपं वदतु।
अध्येतुं तुमुन् रूपमस्ति। अधीते
उत्तमम्।
अध्ययनं
अधीते
अधीते
अत्र लट्लकाररूपम् अधीते। अत्र तत्र साधारण अधि इति उपसर्गः अस्ति। तत्र अधि उपसर्गपूर्वकः तत्र ईकारान्तधातुः अस्ति। अधीते इति प्रथमपुरुषे एकवचनरूपं। कोऽपि वदति वा अधीते इति लट् रूपस्य अन्यानि रूपाणि? नो चेत् अग्रे गच्छामः. किञ्चित् भिन्नरूपाणि अपि च अत्र शास्त्राणि अध्येतुं गुरुकुलम् आगच्छन्ति स्म. अत्र गुरुकुलम् इत्यस्य तत्र रूपं किम्?
गुरुकुलं समासपदम् अस्ति. गुरोः अस्ति वा? गुरोः गुरुकुलं
गुरोः एव.
गुरोः किन्तु कुलम्
इत्युक्ते तत्र अहं चिन्तयामि यत्र कुलम् इत्युक्ते स्थानं प्रदेशः इति अर्थः इति अहं चिन्तयामि.
परिवारः नास्ति भगिनी कुलं गुरुपरिवार गुरोः परिवार
परिवारः इति वदामः वा? अस्तु.
अस्ति वा भगिनि परम्परा?
परम्परा आम् आम्
परम्परा इति इतोपि सम्यक् अस्ति. गुरोः कुलम् गुरुकुलम् आगच्छन्ति स्म. अत्र गुरुकुलम् इति पदं गुरुकुलं पदं वदतु भगिनि.
अत्र गुरुकुलम् अर्थं वसतिगृहं न?
गुरुकुलम् इत्युक्ते
गुरोः गुरोः वासस्थलम्.
अत्र अत्र छात्राः न केवलं तत्र गुरोः गुरुकुलम् इत्युक्ते तत्र गुरु पाठयति अपि च अत्र पुनः गुरुमेव दत्तमस्ति. वासव्यवस्थां कल्पयति इत्युक्ते तत्र केवलं निवासस्थानम् इति न, तत्र छात्राः सर्वे पठन्ति स्म तत्र. अस्तु अस्तु. अपि च छात्राः शास्त्रकौशलं प्राप्तुम् अपि आगच्छन्ति स्म अत्र. शास्त्रकौशलं तत्रापि समस्तपदमस्ति. कः वदति अत्र तस्मिन् विषये? कोऽपि जानाति चेत् वदतु. शास्त्रकौशलम् इत्युक्ते
शस्त्रस्य
क्षम्यताम् अत्र शस्त्र न तु शास्त्र. शस्त्रः शस्त्रं भिन्नं पदं. शास्त्रं भिन्नं पदं. शस्त्रं शस्त्राणि, शास्त्रं शास्त्राणि. परन्तु अत्र पदमस्ति शस्त्रकौशलम् इत्युक्ते अहं चिन्तयामि सप्तमी तत्पुरुषसमासः. सप्तमी शस्त्रे
कौशलं
सप्तमी तत्पुरुषसमासः अस्ति. अत्र एकं वदामि. कुशलस्य भावः कौशलं तद्धितान्तं रूपं. तथा एव निपुणस्य भावः नैपुण्यं. तदपि तद्धितान्तरूपं. शीन् प्रत्ययः इति अहं चिन्तयामि. छात्रः शस्त्रकौशलं प्राप्तुं गुरुकुलम् आगच्छन्ति स्म. अपि च केचन छात्राः वैद्याः भवितुं वेदान्तग्रन्थान् पठितुम् आगच्छन्ति स्म. अत्र भूधातोः रूपं भवितुम्. अत्र भवितुम् अत्र इडागमः अस्ति. अत्र तनय महोदय वदतु किमर्थम् इडागमः अस्ति
अत्र? तुमुन् इडागम इडागमस्य विषये प्रत्ययः अपि प्रत्यये अपि इडानुकूलता भवेत् अपि च धातुः अपि सेट् भवेत्. अत्र भूधातुः सेट् अस्ति अपि च तुमुन् प्रत्यये इडानुकूलता वर्तते यतोहि तुमुन् प्रत्ययः वलादि अस्ति किन्तु वशादि नास्ति.
सुन्दरं तथा वक्तव्यं. सुन्दरं महोदय धन्यवादः. तथा एव अत्र पठितुम् अत्रापि इडागमः अस्ति. किमर्थम् इत्युक्ते अत्र पश्यन्तु पठ् धातोः तुमुन्नन्तं रूपं पठितुं मध्ये इकारः आगतः. मध्ये इकारः आगच्छति चेत् इडागमः इति वदामः. तत्र किं भवति? इट् आगमः इडागमः. डकारस्य स्थाने डकारः अभवत्. इत्युक्ते सन्धिः अभवत्. तदर्थं तत्र उच्चारणं कथं भवति? इडागमः, इट् आगमः, इडागमः. अत्र इडागमः अभवत् यथा महोदयः उक्तवान्. अत्र धातुः अपि सेट् सेट् इत्युक्ते सा इट् यस्य सः सेट् इत्युक्ते धातवः सेटः सन्ति, अनिटः सन्ति, अपि च वेटः अपि सन्ति. वेटः इत्युक्ते विकल्पेन विकल्पेन सेट् भवितुमर्हति, अनिट् अपि भवितुमर्हति. किन्तु अत्र अट् धातुः सेट् धातुः अपि च तुमुन् प्रत्ययः अपि तत्र प्रत्यये इडागमानुकूलता अस्ति इति वदामः. तत्र वेदान्तग्रन्थान् पठितुं छात्राः आगच्छन्ति स्म. यः यत् प्राप्तुमिच्छति तद्ददाति स्म गुरुः. अत्र प्राप्तुम् अत्रापि प्रावपसर्गपूर्वकः आप्लु आप् धातुः अस्ति. प्राप्तुं तुम् अनन्तं रूपम्. गुरुकुले छात्राः स्नातुं नदीं गच्छन्ति स्म. अत्र भगिनी स्नातुम् इति पदमस्ति. शोभा भगिनी वदतु, लट् रूपं वदतु.
स्नानं करोति, स्नातुं एकपदं किमस्ति? स्नानं करोति.
अत्र लट् लट् लकाररूपं वदतु एकवारं. कोऽपि वदति वा?
नपति
अत्र स्नाति 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 इति लट् लकाररूपम्. अत्र स्नातुम् इति रूपम् आगच्छति. तत्र स्नानम् इति ल्युडन्तरूपम्. स्नानं ल्युट् रूपम्. अपि च अत्र धेनुवृषभादीन् इति पदमस्ति. शोभा भगिनी वदतु तस्मिन् विषये.
धेनुः धेनुवृषभा समस्तपदं. धेनु अपि वृषभा बहुवचने. धेन्वः अपि वृषभाः अस्ति वा?
धेनु वृषभ आदि
आदि
अत्र समस्त समस्तपदमस्ति. धेनुशब्दस्य प्रथमान्तरूपाणि वदतु एकवारं.
धेनुः धेन्वः धेन्वः अस्ति वा? धेनु
गीताञ्जलि भगिनी गीताञ्जलि भगिनी वदतु एकवारं.
धेनुः धेनु धेनवः.
सुन्दरम्. वृषभशब्दस्य रूपाणि वदतु, प्रथमान्तानि रूपाणि.
वृषभः वृषभौ वृषभाः.
सुन्दरम्. अपि च अत्र समस्तपदमस्ति इत्युक्ते द्वन्द्वसमासः अस्ति. अत्र धेनुवृषभ आदीन् धेनुवृषभादीन् समस्तपदस्य तत्र विभक्तिः का भगिनी?
बहुवचन प्रथमवि द्वितीयविभक्ति बहुवचन.
द्वितीया बहुवचनं उत्तमम्. अत्र धेनुशब्दस्य कृते अन्यत् पदमपि अस्ति, अन्यः शब्दः अपि अस्ति. गौः शब्दस्य रूपाणि किञ्चित् भिन्नानि भवन्ति, किञ्चित् क्लिष्टकराणि रूपाणि. अत्र गौः शब्दः भिन्नशब्दः, परन्तु यदि वयं जानीमश्चेत् सम्यक् भवति. गौः गावौ गावः तादृशरीत्या रूपाणि सम्भवन्ति. दोस् फार्म्स् आर् लिटिल् डिफिकल्ट् टु रिमेम्बर्. गौः गावौ गावः, गां गावौ गाः तथा भवन्ति रूपाणि.
गौः पुल्लिङ्गे अस्ति न भगिनि?
धेन्वर्धे स्त्री स्त्रीलिङ्गे भगिनि. धेन्वर्धे गोशब्दः. तत्र
गोशब्दः अहं शब्दमञ्जरी दृष्ट्वा
उभयलिङ्गे अस्ति.
वृषभः समानपदम् अस्ति इति भाति. गौ गोशब्दः बुल् पुंलिङ्ग
इति उभयलिङ्गे अस्ति.
उभयलिङ्गे अस्ति वा?
आम्
अत्र तु ओके
अस्तु. सम्यक् इत्युक्ते अहं चिन्तितवती स्त्रीलिङ्गे अस्ति इति अहं चिन्तितवती. धेनुशब्दस्य गोशब्दस्य रूपाणि गौः गावौ गावः गां गावौ गाः तादृशरीत्या द्वितीयविभक्तिपर्यन्तं भवन्ति रूपाणि. अत्र पश्यन्तु चारयितुं चारयितुम् इति पदमस्ति. तस्मिन् विषये वदतु भगिनि.
गच्छन्ति चारयितुं चरति अपि चारयितुं चारयति अटितुं भ्रमितुं वनं गच्छन्ति स्म. चरति चारयितुं ग्रेजिङ्ग्.
अस्तु उत्तमम् उत्तमं तदेव. इत्युक्ते अत्र चर् धातोः लट्लकाररूपं चरति अपि च अत्र निजन्तरूपं दत्तमस्ति चारयति. किन्तु अत्र पश्यन्तु वाक्यं पश्यन्तु. धेनुवृषभादीन् चारयितुं वनं गच्छन्ति स्म. अहं पूर्वमेव उक्तवती यत्र कुत्रापि निजन्तधातुः अस्ति चेत् साधारणतया कर्मपदं सम्भवति इति अहम् उक्तवती. निजन्तवाक्येषु कर्मपदं द्वयं सम्भवति. अस्मिन् वाक्ये कर्ता कः भगिनि वदतु.
कर्ता शिष्यानि शिष्यः
सुन्दरं शिष्याः इत्युक्ते अत्र उत्तमम् उत्तमम् इत्युक्ते अत्र शिष्याः इति पदं न दत्तमस्ति. केवलं तस्य अध्यारोपणं कुर्मः. किन्तु अस्मिन् पदे कर्मपदानि कानि?
कर्मपदानि वनं अपि यथा भवती उक्तवती चारयितुं अस्ति. कर्मपद नास्ति वनं कर्मपदम् अस्ति तत्र.
इत्युक्ते तत्र चारयितुम् इति पदं तुमुन्नन्तं पदं तस्य अर्थः कः? तत्र किमर्थं गच्छन्ति स्म? किमर्थं गच्छन्ति स्म? चारयितुं गच्छन्ति स्म. किन्तु अस्मिन् वाक्ये कर्मपदद्वयमस्ति. वदतु.
धेनुवृषभादीन् कर्मपदम्
इत्युक्ते अत्र धेनुवृषभादीन् इति एकं कर्मपदं. शिष्याः धेनुवृषभादीन् चारयन्ति स्म चारयितुं गच्छन्ति स्म. अपि च ते कुत्र गच्छन्ति स्म? वनं गच्छन्ति स्म. इत्युक्ते धेनुवृषभादीन् एकं कर्मपदं, वनम् अन्यत् कर्मपदम्. अत्र चारयति इति निजन्तरूपम् अस्ति इति कृत्वा तत्र कर्मपदद्वयं कर्मपदद्वयमस्ति. अपि च कन्दमूलफलानि आने. वदतु भगिनि.
भगिनि प्रश्न भगिनि, चारयितुं चारणार्थम् अपि च सम्यक् वा?
चारणार्थं किन्तु तथा चारणार्थम् अत्र तत्पदम् अस्ति वा इति वा द्रष्टव्यं. चारणार्थम् इति वदामश्चेत् तत्र चर् धातुतः चरणम् इति लुडन्तपदमस्ति. किन्तु चारयति इत्यस्मात् चारणम् इति लुडन्तपदमस्ति वा इति द्रष्टव्यम्. अस्ति चेत् चारणार्थम् इति पदं सम्यक् एव. परन्तु यदा कदापि तत्र तस्मात् तत्र चारयति इति पदात् ल्युडन्तपदम् आगच्छति वा इति वा तत्र द्रष्टव्यं. सम्यक् एव. अनन्तरम् अत्र शोभा भगिनी कन्दमूलफलानि इति दत्तमस्ति. भवती किम् अवगतवती?
कन्दमूलफलानि समस्तपदं. कन्दमूल इत्युक्ते रूट्स् इति अहं चिन्तयामि. अपि फला कन्दमूलानि अपि फलानि आनेतुम्
अत्र कन्द इति पदस्य अर्थः भिन्नः, मूल इति पदस्य अर्थः भिन्नः. मूल इत्युक्ते रूप्स्, मूल इत्युक्ते रूप्स् इत्युक्ते मूलं मूलानि, फलं फलानि. किन्तु किन्तु कन्द कन्द इत्युक्ते कन्द इत्युक्ते किं, कः वदति?
Bulb, bulb of the roots or something like tuber.
Tubers, as well, tuberous parts of the plant. Atra kanda ichukte bhinnam bhinnarthah, moola ichukte roots, kanda ichukte yatha vamsi susabhaine uktavati atra bulb, tuberous part of the plant, underground tuberous part.
Bhagini, is all it is all part of the root only, no? Kanda
तत्र यदि वयं तत्र सैन्स् पठामश्चेत् तत्र अर्थः भिन्नः भगिनि. अहं सैन्स् स्टूडेण्ट् एव, अतः वदामि. कन्दः ट्यूबरस् पार्ट् आफ् द रूट् भिन्नः, रूट् भिन्नः.
यथा गृञ्जनकं
पोटेटो
अस्ति,
पोटेटो इस् अ ट्यूबर्,
पोटेटोस् केरट्स् याम् मूल, कन्द स्वीट् पोटेटो अस्ति वा?
अत्र पोटेटो 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 इस् नाट् द रूट् आफ् द प्लाण्ट्.
हा, दे आर् कन्द बिकास् दे गेट् यु वि गेट् मेनि, वेर् एस् केरेट् इट्स् जस्ट् वन् वन् रूट्.
पोटेटो इस् नाट् रूट्. अस्तु, अत्र आनेतुम् आनेतुम् इति दत्तमस्ति, तत्र लट्लकाररूपं किम्?
आनयति,
आनयति. आ उपसर्गपूर्वकः, उत्तमम् उत्तमम्. आ उपसर्गपूर्वकः नी धातुः. अत्र वंशसुधा भगिनी एकवारं वदतु नी धातोः रूपाणि.
भगिनी पुनरेकवारं वदतु भगिनी.
नी धातोः रूपाणि.
ओ, नयति, नयति इति फलं भगिनी.
नयति,
नयति, नयतः, नयन्ति, नयसि, नयतः, नयत, नयामि, नयावः, नयामः.
सुन्दरं सुन्दरम्. अत्र नी धातोः निजन्तरूपं किम्?
निजन्त नाय नाययति,
नाययति. उत्तमं, ह्यः एव वयं पठितवन्तः.
आं भगिनि, तदेव अहं जानामि, न तु अहं न जानामि.
ह्यः एव वयं व्याकरणवर्गे पठितवन्तः नी धातोः णिजन्तरूपं नाययति, ची धातोः रूपं चाययति तथा भवति. अपि च नी धातोः ल्युडन्तरूपं नयनम् इति भवति. उत्तमम्. अनन्तरम् अत्र शोभा भगिनी भवती वदतु समिधः इति अस्ति, इत्युक्ते किम्?
समितः इत्युक्ते वुड्स्, वुड् सङ्ग्रहीतुं, पाकं कर्तुम् अथवा होमं कर्तुम् इत्यादि.
होमं कर्तुम्. अत्र समितः भिन्नः किञ्चित्, अपि च काष्ठं काष्ठं भिन्नः.
हा, समितः होम होम होमस्य समये एव उपयोगं करणीयम्.
समिधः. अत्र अहम् अहं दृष्टवती समिध् इति स्त्रीलिङ्गपदं, धकारान्तपदमस्ति इति भाति. समिध् समिधौ समिधः, यथा वयं सरित् सरितौ सरितः, तथा एव अत्र पश्यतु समिधः इति रूपं वदतु एकवारं.
समिधः समिधः समिधौ समिधाः अस्ति वा?
अत्र अहं चिन्तयामि हलन्तपदम् इति अहं चिन्तयामि. हलन्त
प्रातिपदिकम् अस्ति चेत् प्रथमा
कथम्? अत्र सरित् सरित् पदम् इव, सरित् सरितौ सरितः.
ओ, समिद् समिद् समिधौ समिधः. ओके,
इत्युक्ते अत्र बहुवचनरूपं दत्तमस्ति. अत्र छात्राः इतोपि किं किं कुर्वन्ति स्म? छात्राः कन्दमूलफलानि आनेतुम् अपि च समिधः सङ्ग्रहीतुम् अत्र पश्यतु, समिधः सङ्ग्रहीतुम् अत्र समिधः इति पदं कर्मपदम् अपि च बहुवचने अस्ति अपि च इतोपि तुमुनन्तपदमस्ति चेत् अपि कर्मपदं सम्भवति यथा यथा क्त्वान्तरूपं ल्यबन्तरूपम् अस्ति ल्यबन्तरूपं यथा कर्मपदं स्वीकरोति तथा एव तुमुन्नन्तं पदम् अपि कर्मपदं स्वीकर्तुं शक्नोति अतः समिधः इति पदं कर्मपदं सङ्ग्रहीतुम् अत्र तस्मिन् विषये वदतु सङ्ग्रहीतुम् अत्र लट्लकाररूपं वदतु सङ्ग्रहीतुम् इत्यस्य
सङ्ग्रहति सङ्ग्रहणं करोति सङ्ग्रु इति
सङ्गृह्णाति
सुन्दरं गीताञ्जलि भगिनी वदतु सर्वे उक्तवन्तः वदतु भगिनि
सङ्गृह्णाति सङ्गृह्णीतः सङ्गृह्णन्ति
सुन्दरं सङ्गृह्णाति सङ्गृह्णीतः सङ्गृह्णन्ति केवलं तत्र गृह्णाति इति पदस्य रूपाणि वक्तव्यानि किन्तु सम् इति उपसर्गः सम उपसर्गपूर्वकः ग्रहधातुः ग्रहधातोः रूपाणि गृह्णाति गृह्णीतः गृह्णन्ति तादृशरीत्या रूपाणि भवन्ति समितः सङ्गृह्णीतुं च अरण्यं गच्छन्ति स्म अत्र अरण्यम् इति पदमस्ति रूपं किं भगिनि शोभा भगिनि वदतु
अरण्यम् अत्र कर्मपदं द्वितीयविभक्ति अरण्यः इति अरण्यम् एव नपुंसकपदम् अस्ति वा
नपुंसकलिङ्गपदम् इत्युक्ते अत्र द्वितीय एकवचनं दत्तमस्ति बहुवचनरूपं वदतु
अरण्यं फलं फले फलानि अरण्यम् अरण्ये अरण्यानि
तत्र णत्वमस्ति वा
नत्वं नास्ति अरण्यानि
किमर्थं नास्ति
नकार आगच्छति निमित्तं नास्ति अत्र निमित्तम् अस्ति अर अकारः अस्ति चेत् किन्तु अत्र बाधा भवति बाधा न एकमेव अस्ति अहं
जानामि वंशी सुधा भगिनी भवती वदतु
तत्र अरण्यं पदे नकारः अस्ति वा भगिनी अस्ति न अरण्यं समानपदे अस्ति
न न अहं किं वदामि अरण्यम् इति पदमस्ति किन्तु बहुवचने बहुवचनरूपं किम्
ओ अरण्यानि इति वदति वा आम् तत्र अरण्यानि समानपदे अस्ति यकारः अस्ति परन्तु नकारः निमित्तं नास्ति न महोदय
तथा न वक्तव्यम् अत्र तनय् महोदय भवान् वदतु
अत्र रेफः अस्ति अतः निमित्तं तु अस्ति परन्तु रेफात् अनन्तरं णकारः अस्ति सः णकारः बाधकवर्णः अस्ति णत्वं कृते अतः णत्वं न भवति अत्र
सुन्दरं तथा वक्तव्यम् इत्युक्ते तत्र मूर्धन्यणकारस्य कृते मूर्धन्यणकारः एव बाधकवर्णः सूत्रं नास्ति अत्र अहं किं वदामि सूत्रमित्युक्ते यथा भगिनी उक्तवती अट्कुप् वाङ्नुं व्यवायेति इति सूत्रेण तत्र किं भवति इत्युक्ते मूर्धन्य तत्र निमित्तमस्ति किन्तु तत्र बाधकवर्णः अपि अस्ति. बाधकवर्णः कः इत्युक्ते अट्कुप्वाङ्नं व्यवायेपि इति सूत्रेण अत्र कुप् इति वदामश्चेत् कवर्गीयवर्णाः अवर्गीयवर्णाः भवितुमर्हन्ति, किन्तु अत्र तवर्गीयव्यञ्जनं तठ डढ अण इति अस्ति. मूर्धन्य अणकारः एव तत्र बाधकवर्णः, अणकारः एव बाधकवर्णः णत्वस्य कृते इति वक्तव्यम्. उत्तमम्. अनन्तरम् अत्र तण्डुलादिकं प्राप्तुं ग्रामान् गच्छन्ति स्म इति अस्ति. तण्डुलादिकं तत्र भगिनी वदतु, तण्डुलः इत्युक्ते किम्?
तण्डुलः इत्युक्ते रैस्. तण्डुलः आदि अपि कम् अत्र कं किमर्थं भवति न जानामि भगिनि. तण्डुलादि पूर्वं धेनुवृषभादि आदि आसीत् आदिन् तण्डुलादिकम् अत्र द्वितीयकर्मपदमस्ति वा समस्तपदानि?
द्वितीय एकवचनम्. अत्र अहम् एकं वक्तुम् इच्छामि, अत्र अहम् एकं प्रश्नं पृच्छामि. व्रीहिः अस्ति, तण्डुलः अस्ति, ओदनम् अस्ति, तेषां मध्ये भेदः अस्ति वा? अत्र कोऽपि वदति वा भेदः अस्ति? तण्डुलः, व्रीहिः, ओदनम्.
ओदनं नपुंसकलिङ्ग्, व्रीहिः ईकारान्त पुंलिङ्ग्, तण्डुलः अकारान्त पुंलिङ्ग्.
हा अस्तु लिङ्गस्य विषये, किन्तु अहं किं वक्तुमिच्छामि इत्युक्ते अत्र ओदनम् इत्युक्ते वदतु भगिनि, वदतु भगिनि.
तण्डुलम् इत्युक्ते अन्कुक्ड् रैस्, ओदनम् इत्युक्ते कुक्ड् रैस्.
तण्डुलः इत्युक्ते केवलं रैस् तत्र अन्कुक्ड् रैस्, ओदनम् इत्युक्ते कुक्ड् रैस्, व्रीहिः इत्युक्ते
व्रीहिः अहं न जानामि भगिनि.
व्रीहि इत्युक्ते तत्र बिफोर् द
हस्क् इस् रिमूव्ड्.
ओ हस्क् इस्
बिफोर् द हस्क् इस् रिमूव्ड्.
ओ ओ ओके. बहु व्रीहि
तद् बहु व्रीहिः इत्युक्ते तत्र बहुव्रीहि व्रीहि सम्यक् भगिनि. बहुव्रीहिः इत्युक्ते यस्य पार्श्वे अथवा यस्य पार्श्वे बहुव्रीहिः अस्ति सः बहुव्रीहिः. तत्र बहुव्रीहिसमासस्य कृते तत्र एकः श्लोकः अस्ति, श्लोकः अपि तदेव वदति यस्य यस्मिन् वा इत्यस्मिन् अर्थे बहुव्रीहिसमासस्य उपयोगः भवति. तत्र अर्थः सम्यक् रीत्या उक्तमस्ति तस्मिन् श्लोके बहुव्रीहिः. अत्र व्रीहिः इत्युक्ते रैस् बिफोर् द हस्क् इस् रिमूव्ड्. किन्तु तण्डुलः इत्युक्ते आफ्टर् द हस्क् इस् रिमूव्ड् रैस्. ओदनम् इत्युक्ते कुक्ड् रैस्
कुक्ड् रैस्. भगिनी भवती उक्तवती मातृदेवो भव इति बहुव्रीहिः समास अस्ति, तत्र किमर्थं व्रीहिः आगच्छति तत् समास किं सूचयति?
अत्र मातृदेवः इति पदं समस्तपदं भव भव भवती जानाति एव भूधातोः मध्यमपुरुषे एकवचनरूपं भव. मातृदेवः इति तत्र बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासस्य विषये तत्र विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते यस्य यस्मिन् तत्र तादृशरीत्या विग्रहवाक्यं वक्तव्यम्.
किन्तु तत्र व्रीहिः इति पदस्य अर्थम् अन्वयति वा?
तत्र अर्थः अस्ति भगिनि. अत्र बहुव्रीहिः इत्युक्ते तत्र यस्य पार्श्वे बहु व्रीहि द पर्सन् हू हेस् मोर् रैस्.
ओ
तत्र एकः श्लोकः अस्ति, श्लोकमहं न सम्यक् न स्मरामि. अत्र तस्मिन् श्लोके द्विगुसमासस्य विषये, कर्मधारयसमासस्य विषये, बहुव्रीहिसमासस्य विषये एकस्मिन्नेव श्लोके सम्यक् रीत्या तत्र विवरणं दत्तमस्ति. बहुव्रीहि सम्यक् अनन्तरम् अत्र इतोपि चालयितुं गुरुकुलं चालयितुं नृपाः साहाय्यं कुर्वन्ति स्म. अत्र चालयति, वदतु भगिनि.
चालयति आङ्ग्लभाषायां टु मेण्टेन् भगिनि,
टु रन्. अत्र चालयति इति पदमपि निजन्तपदं, चलति
चलति चालयति, चालयितुं
चालयितुं. धनिकाः अपि साहाय्यं कर्तुम् उत्साहं दर्शयन्ति स्म. अत्र दर्शयन्ति इति अपि णिजन्तरूपं. तत्र साधारणरूपं किम्?
दर्शयति, दर्शयति,
दर्शति,
द्रश्.
गीताञ्जलि भगिनी वदतु, कः वदति? पश्यति. दृष् धातोः लट्रूपं पश्यति, अणिजन्तरूपं दर्शयन्ति, उत्साहं दर्शयन्ति स्म. अत्र उत्साहम् इति पदं कर्मपदम् इति कृत्वा, किन्तु तस्य रूपम् उत्साहः. किन्तु साहाय्यम् इति पदं नपुंसकलिङ्गपदम्. किन्तु गुरुः स्वावलम्बिजीवनं यापयितुम् इच्छति स्म. अत्र स्वावलम्बिजीवनम् इति पदमस्ति, तस्मिन् विषये वदतु.
स्वावलम्बी, स्वयोगः अवलम्बी, योगः जीवनं, तत्र सन्धिः अपि भवति, समासः अपि अस्ति वा भगिनि?
अत्र समस्तपदमस्ति,
समस्तपदमेव. ओके,
यत्र कुत्रापि समस्तपदमस्ति चेत् सन्धिः कर्तुं शक्यते चेत् कर्तव्यम् एव. अत्र सु इति उपसर्गः अस्ति इति अहं चिन्तयामि. अवलम्बि इति अपि अस्ति. अत्र गतसप्ताहे उषा भगिनी पृष्टवती स्व इति उपसर्गः वा इति पृष्टवती. स्व इति उपसर्गः नास्ति. अत्र द्वाविंशति उपसर्गेषु तत्र स्व इति नास्ति. अत्र सु उपसर्गपूर्वकः अवलम्बि इति वदामश्चेत् तत्र यण् सन्धिः भूत्वा स्वा इति रूपम् आगच्छति. स्वावलम्बि, स्वावलम्बिजीवनम् इत्युक्ते किम्?
स्वस्य आधारेण जीवितुं, जीवनं कर्तुम्.
उत्तमम्. आङ्ग्लभाषायां किं वदामः?
अटानमस्.
उत्तमम्. इण्डिपेण्डेण्ट् लैफ्.
इण्डिपेण्डेण्ट्,
इण्डिपेण्डेण्ट् लैफ्. यापयितुम् इति पदमस्ति. अत्र यापयति इत्यस्मिन् विषये तने महोदय भवान् वदतु.
यापयति इति चुराडिगणे अस्ति वा धातु?
अहं चिन्तयामि याति, याति अदादिगणीयधातुः, याति अस्ति. किन्तु या धातुः आकारान्तधातुः इति कृत्वा पुगागमः भवति.
आं भगिनि, या धातुः अस्ति तस्मात् निजन्तरूपं यापयितुम् इति भवति.
उत्तमम्. इत्युक्ते अत्र याति, याति इति पदम् अदादिगणीयधातुः, गच्छति इत्यस्मिन् अर्थे भवति. किन्तु अत्र निजन्तरूपम् अस्ति यापयति, किन्तु अत्र तुमुन्नन्तं रूपं यापयितुम् इति दत्तमस्ति. अत्र अपि च इच्छति स्म, इच्छति स्म, अत्र इच्छति, अत्र धातुः अस्ति इष्, इष् धातुः. किन्तु इष् धातोः तत्र षकारस्य स्थाने इच्छति छकारः कथम् आयाति? यथा गम् धातोः गच्छति, गम् धातोः लट्रूपं गच्छति, इष् धातोः इच्छति इति भवति. तत्र ह्यः एव अहं पठितवती तदर्थं वदामि. तत्र एकं सूत्रं कार्यं करोति. इषु गमीयमां छः, इषु गमीयमां छः इति सूत्रेण अत्र गम् धातोः रूपं, तत्र मकारस्य स्थाने छकारः आगच्छति, तथा एव इष् धातोः लट् रूपं, तत्र षकारस्य स्थाने छकारः इच्छति इति रूपम्, इषु गमीयमां छः इति सूत्रम् आगच्छति. अनन्तरम् अतः तादृशं साहाय्यं प्राप्तुं न इच्छति स्म. कः न इच्छति स्म?
गुरुः.
गुरुः किमर्थम्?
किमर्थं चेत् सः स्वावलम्बी जीवनं यापयितुम् इच्छति. नृपाणां साहाय्यं स्वीकरोति, किन्तु धनिकानां साहाय्यं स्वीकर्तुं न इच्छति.
न इच्छति. अत्र नृपः इति पदम् अकारान्तपदं, किन्तु नृपः इति पदस्य पर्यायवाचकपदं राजा इति नकारान्तपदम्.
राजन्.
राजन् उत्तमम्. अपि च भवती वक्तुमिच्छति चेत् गुरुशब्दस्य रूपाणि वदतु.
गुरु विभक्तिरूपाणि.
विभक्तिरूपाणि.
गुरुः स्पाट्लैट्
कोऽपि अन्य अस्तु चिन्ता मास्तु भगिनि. केवलं किमर्थं वदामि इत्युक्ते, अत्र यदि वयम् एकवारं ध्वनिमुद्रणं शृणुमः चेत् तत्र सर्वेषां कृते बहु लाभाय भवति भगिनि. अत्र यदा कदापि ध्वनिमुद्रणं शृणुमः चेत् तत्र रूपाणि, ओ तादृशानि रूपाणि सन्ति वा इति वयं किञ्चित् चिन्तनं भवति. अतः
वदामि भगिनि किमर्थं चेत्
दृष्ट्वा वदतु.
सम्यक् अस्ति. गुरुः गुरु गुरवः, हे गुरो हे गुरु हे गुरवः, गुरुं गुरु गुरून्, गुरुणा गुरुभ्यां गुरुभिः, गुरवे गुरुभ्यां गुरुभ्यः, गुरोः गुरुभ्यां गुरुभ्यः, गुरोः गुर्वोः गुरूणां, गुरौ गुर्वोः गुरुषु.
गुरुषु. उत्तमम् उत्तमं. धन्यवादः भगिनि. अत्र अधुना वंशश्रुतः भगिनि अभ्यासपुस्तके तत्र क्त्वा इति पाठः अस्ति, तत्र कस्मिन् पुटे? 25.1 अस्ति, पञ्चाशत्तमे पुटे.
एकनिमिषं भगिनि. कुत्र भगिनि, कुत्र अस्ति? 25
अष्टपञ्चाशत् 58
आं भगिनि एकनिमिषम्. आं भगिनि अस्ति अस्तु. आं प्राप्तं भगिनि. भगिनि
वदतु.
प्राप्तं भगिनि. अहं पठामि भगिनि.
पठतु.
त्वा इति प्रत्ययः. सः शालां गच्छति, पाठं पठति. सः शालां गत्वा पाठं पठति. अत्र
प्रथमं करोतु. अत्र किं दत्तमस्ति भवती वदतु स्वस्य वाक्यैः.
हा, तत्र द्वे कार्याणि भवन्ति, शालां गच्छति, पाठं पठति. यदि द्वौ कार्याः कार्यौ स्तः, द्वौ कार्यौ स्तः, तत्र द्वे क्षम्यतां, द्वे कार्ये द्वे कार्ये स्तः, तत्र त्वा प्रत्यये योजयामः चेत् तत्र सम्बन्धः भवति. तत्र शालां गत्वा पाठं पठति, यदि प्रथमं शालां गच्छति अनन्तरं पाठं पठति, तदेव त्वा प्रत्यये उपयोगः.
इत्युक्ते अत्र वाक्यद्वयमस्ति, वाक्यद्वयस्य संयोजनार्थं त्वा इति प्रत्ययं योजयामः. अत्र यथा भवती उक्तवती कार्यद्वयमस्ति, द्वे कार्ये स्तः, तदर्थं तत्र वाक्यद्वयं मिलित्वा लेखितुमिच्छामश्चेत् तदा पूर्वम् एकं कार्यम् अभवत् तदनन्तरम् अन्यत् कार्यम् अपि अभवत् इति तत्र द्वयोः कार्ययोः विषये वदामश्चेत् तत्र क्त्वाप्रत्ययं योजयामः. अत्र क्त्वा इत्यस्य विषये इतोपि किञ्चित् वदतु यद् भवती जानाति.
त्वा इति कित् अस्ति, तत्र आर्धधातुकप्रत्ययः अस्ति. अन्य किं वदामि भगिनि?
तदेव तदेव. अत्र सर्वे पश्यन्तु, अत्र त्वा प्रथमतया तत्र ककारः अस्ति. ककारः किमर्थम् इत्युक्ते साधारणतया अष्टाध्याय्यां कृत्वा तत्र ककारं ककारयुक्त पदं लिखितमस्ति, किन्तु लोके त्वा इति वदामः. इत्युक्ते तत्र ककारः इत् संज्ञकवर्णः भूत्वा सः वर्णः लुप्यते, तदनन्तरम् अपगच्छति, तत्र न तिष्ठति, ककारः न तिष्ठति. यदि ककारः न तिष्ठति चेत् तत्र किमर्थमस्ति इत्युक्ते तत्र तस्य प्रयोजनम् अस्ति, प्रयोजनम् अस्ति एव, किन्तु ककारः कित् कित् भूत्वा इत् संज्ञ कित् इत्युक्ते ककारः इत् संज्ञकवर्णः इति अर्थः. इत् इत्युक्ते तस्य लोपः भवति, अनन्तरं तस्य लोपः भवति, किन्तु तस्य उपयोगः अस्ति एव. ककारः इत् भवति चेत् तत्र किं तिष्ठति, किम् अवशिष्यते, त्वा एव अवशिष्यते. तत्र गम् धातोः रूपं गत्वा, शालां गत्वा पाठं पठति. अन्यानि वाक्यानि वदतु.
ते कार्यं कुर्वन्ति, श्रान्ताः भवन्ति. ते कार्यं कृत्वा श्रान्ताः भवन्ति.
अत्र श्रान्ताः तस्मिन् विषये वदतु, श्रान्ताः वदतु.
श्रान्ताः पुल्लिङ्ग बहुवचने अस्ति भगिनि,
पुंलिङ्ग बहुवचने. कथं ज्ञातवती भवती?
ते इति अस्ति चेत् ते बहुवचने अस्ति, ते कार्यं कृत्वा श्रान्ताः भवन्ति बहुवचनरूपमस्ति, भवन्ति ते अपि अस्ति.
उत्तमम् इत्युक्ते अत्र केवलं ते एव दत्तमस्ति चेत् वयं न ज्ञातुं शक्नुमः, किन्तु अत्र क्रियापदं भवन्ति अस्ति. भवन्ति कुर्वन्ति इति बहुवचन लट्लकार प्रथमपुरुष बहुवचनरूपम् अस्ति इति कृत्वा तत्र ते इति पदं बहुवचनरूपं. श्रान्ताः अत्र तनय् महोदय वदतु, श्रान्ताः इति पदं कथं निष्पन्नं भवति?
कथं निष्पन्नं अत्र प्रातिपदिकं श्रान्तिन् इति अस्ति वा?
अत्र क्तान्तरूपं क्ताप्रत्ययान्तरूपं श्रं धातोः रूपं श्रान्त. कृतान्तरूपं त्रिषु लिङ्गेषु त्रिषु वचनेषु सप्तसु विभक्तिषु भवति कृतान्तरूपम्. अत्र पश्यन्तु, तत्र शं धातु शम् इति धातुः अस्ति, शं धातोः रूपं श्रान्त, किन्तु श्रं धातोः रूपं श्रान्त. परन्तु पदद्वयमपि कृताप्रत्ययान्तरूपाणि. श्रान्तः इत्युक्ते किं भगिनि वदतु, वंशसुधा भगिनि?
श्रान्तः इत्युक्ते आङ्ग्लपदमेव आगच्छति मनसि.
आङ्ग्लपदमेव वदतु, वदतु.
टेकिङ्ग् रेस्ट् भगिनि, ते कार्यं कृत्वा श्रान्ताः भवन्ति.
श्रान्ताः गीताञ्जलि भगिनी उक्तवती वा? अस्तु, इत्युक्ते टयर्ड् तत्र श्रान्तः. अहं श्रान्तः अस्मि इत्युक्ते
इति वक्तुं शक्यते वा भगिनि?
किन्तु भगिनी वयं साधारणतया प्रादेशिकभाषासु तत्र श्रमः श्रान्तः तत्र अर्थः भिन्नः, किन्तु संस्कृतभाषायां श्रान्तः इत्युक्ते टयर्ड् टयर्ड् एव इत्युक्ते ते. अत्र वाक्यमपि पश्यन्तु, वाक्ये किं दत्तमस्ति, ते कार्यं कुर्वन्ति, तदर्थं ते श्रान्ताः भवन्ति. अधिकं कार्यं कर्तुं
श्रमपदेन आगताः अस्ति वा?
श्रम धातुः रूपं श्रान्त, यथा मन्मत श्रम श्रान्त क्रान्त क्रान्त इति पदमस्ति, क्रम क्रान्त तादृशरीत्या तत्र धातुः श्रम, किन्तु कृताप्रत्ययान्तरूपं, तत्र कृताप्रत्ययान्तरूपमपि तत्रापि ककारः कित् कित् अस्ति, कित् सञ्ज्ञकवर्णः. उत्तमम्. इत्युक्ते ते कार्यं कृत्वा श्रान्ताः भवन्ति. अत्र गम् धातोः कृतान्तरूपं गत्वा क्रू धातोः रूपं कृत्वा कृत्वा, इत्युक्ते तत्र इडागमः न भवति. अत्र तने महोदय एकवारं वदतु, अत्र किमर्थम् इडागमः न अभवत्?
अत्र इडागमः न अभवत् यतोहि क्रू धातुः इति अणित् धातुः अस्ति इति अहं चिन्तयामि.
इत्युक्ते अत्र आधिक्येन इत्युक्ते मेक्सिमम् अजन्तधातवः अनिटः सन्ति, हलन्तधातवः सेटः भवन्ति. हल धातुः हलन्तधातुः अस्ति चेत् सेट् भवति साधारणतया आधिक्येन. तत्र अपवादाः सन्ति किन्तु साधारणनियमः अजन्तधातवः अनिटः भवन्ति, हलन्तधातवः सेटः भवन्ति. अत्र पश्यन्तु तृतीयं वाक्यं पठतु वंशसुधा भगिनी.
शिशुः क्रीडाङ्गणे पतति रोदनं करोति. शिशुः क्रीडाङ्गणे पतित्वा रोदनं करोति.
अत्र इडागमः अभवत् वा?
हलन्तधातु अहं चिन्तयामि भवन्ति स्म.
तत्र तने महोदय पुनः एकवारं वदतु, अत्र पतित्वा किमर्थम्?
अत्र इडागमः भवति यतोहि पत् धातुः इति हलन्तधातुः अस्ति, अपि च सेट् धातुः अस्ति. त्वा इति प्रत्यये त्वा इति प्रत्ययः वलादिः अस्ति, वशादिः वलादिः अस्ति, वशादिः नास्ति. तस्मात् कारणात् तत्र इडानुकूलता वर्तते, अतः अत्र इडागमः भवति.
इडानुकूलता वर्तते अत्र. पूर्वं पश्यन्तु गम् धातोः गत्वा, क्रु धातोः कृत्वा. क्रु इति धातुः रुकारान्तधातुः, अजन्तधातुः, अतः अनिट् अनिट् धातुः. किन्तु अत्र पश्यन्तु पतति इति लट्लकाररूपम् अस्ति, किन्तु धातुः अस्ति पत् धातुः. पत् धातुः अन्तिमवर्णः तकारः, इत्युक्ते हलन्तधातुः. आधिक्येन हलन्तधातवः सेटः. सेटः इत्युक्ते इडागमानुकूलता तेषु वर्तते. तदर्थमेव अत्र पतित्वा इति रूपमागतम्. अत्र रोदनं रुद् धातोः रूपं, रोदनं न्यूडन्तरूपं. पतित्वा रोदनं करोति. अनन्तरं पठतु भगिनि, भवती एव करोतु.
अहं फलं खादितवान्, जलं पीतवान्. अहं फलं खादित्वा जलं पीतवान्.
अत्र इडागमः अभवत् वा?
खाद् इति धातु अस्ति, खाद् इति हलन्तमस्ति, यतोहि अहं चिन्तयामि इडागमः भवति.
यथा अत्र तनय महोदयः उक्तवान् तथा एव वदतु.
खाद् इति धातु हलन्तधातु अस्ति, अतः सेट् भवति. त्वा प्रत्ययः अर्धधातुकस्येड् वलादे वल् प्रत्याहारस्थवर्णः अस्ति. तत्र प्रत्ययः वल् आदौ प्रत्ययः वल् वल् प्रत्याहारस्थवर्णः अस्ति, अतः इडानुकूलः भवति.
वलादिवर्णः कः?
वल् वर्णः अस्ति प्रथमा द्वितीया तृतीया यकारः विना सर्वे व्यञ्जनानि भवन्ति भगिनि?
तथा न वक्तव्यं, तथा न वक्तव्यम्। अत्र वलादिवर्णः अस्ति, वशादिः नास्ति इति तत्र सूत्रे दत्तमस्ति। वलादिवर्णः, वलादिवर्णः कः इति वदामश्चेत् तत्र तकारः, अनुबन्धलोपानन्तरं तकारः वलादिवर्णः। यदि वयं पश्यामश्चेत् वल्प्रत्याहारं, वल्प्रत्याहारे के के वर्णाः सन्ति इति पश्यामश्चेत् तत्र आदिमवर्णः अत्र तकारः वल् प्रत्याहारे अस्ति, किन्तु वश् प्रत्याहारे नास्ति। कः वर्णः? तकारः।
परन्तु वल् प्रत्याहारे सर्वे व्यञ्जनानि भवन्ति न भवति? यकारः विहाय, यकारः विहाय अहं
तत्र तकारः, तकारः तु वलादि वल् प्रत्याहारस्थवर्णः।
अत्र ओ क्षम्यतां भगिनि, अहं वल् प्रत्याहार क्षम्यतां भगिनि, अहं मम चिन्तनं भिन्नः अस्ति।
अत्र इत्युक्ते अत्र कृत्वा कृत्वा इति वदामश्चेत् ककारः अपगच्छति, अनन्तरं अनुबन्धलोपानन्तरं तकारः तिष्ठति। तकारः वलादिवर्णः, वशादिः नास्ति। तथा एव अत्र पश्यन्तु खादितवान् इति अस्ति, खादितवान् अत्र अत्रापि इडागमः अस्ति। किमर्थम् इडागमः अस्ति अत्र?
खाद् धातु अस्ति, तवतु प्रत्ययः अस्ति, तवतु तकारः वल् प्रत्याहारस्थवर्णः अस्ति, अतः इडागमः भवति।
उत्तमम्, इत्युक्ते सुन्दररीत्या उक्तवती, परन्तु अन्येषां कृते एकवारं वदामि। अत्र धातुः अस्ति खाद् धातुः, खाद् धातुः हलन्तधातुः, साधारणतया हलन्तधातवः पेटः सन्ति। इत्युक्ते धातु धातुम् इडागमानुकूलता अस्ति, सः एकः विषयः। अनन्तरं प्रत्ययः अस्ति, तावत् प्रत्ययं, तावत् प्रत्ययं योजनेन तत्र तावतु इति वदामश्चेत् तत्रापि ककारः अस्ति, ककारः इत् भवति, तत्रापि आदिमवर्णः तकारः, तकारः वलादिवर्णः। अतः अत्र क्त्वाप्रत्ययं वा भवतु, क्तवतु प्रत्ययं वा भवतु, तत्र इडागमः हलन्तधातुषु आधिक्येन भवति। अपवादाः तु सन्ति एव, किन्तु आधिक्येन तथा भवन्ति। अपि च पीतवान् इति रूपम् अस्ति, तत्र धातुः कः भगिनि वदतु?
पा इति धातुः भगिनि,
पाधातुः, पाधातोः रूपं पीत इति भवति अत्र। तत्रापि सूत्रमस्ति। अग्रिमं पठतु अत्र तने महोदय, भवान् करोतु अग्रिमानि वाक्यानि। धन्यवादः भगिनि।
आं भगिनि, किञ्चित् किञ्चित् पानीयं पिबतु अनन्तरं गच्छतु, किञ्चित् पानीयं पीत्वा अनन्तरं गच्छतु।
अत्र पानीयं तस्य रूपं किम्?
अत्र पानीयम् इति अनियर् अनियर् प्रत्ययान्तरूपम् अस्ति, पा योगः अनियर् इति प्रत्यय अस्ति।
उत्तमम्, अत्र अनियर् प्रत्यय, अनियर् प्रत्यये तत्र ईत् संज्ञकवर्णः कः?
रेफः इत् सन्धिकः वर्णः अस्ति तत्र।
अत्र अनियर् इति वदामश्चेत् तत्र अन्तिम रकारः इत् संज्ञकवर्णः, पा धातुः, अपि च अनीय इति भवति, पानीय इति रूपं तत्र अनियर् प्रत्ययान्तरूपम् अस्ति, पिबतु। परन्तु यदि भवान् जानाति चेत् वदतु महोदय, पा धातोः रूपं पिबति कथं भवति?
तत्र वयं व्याकरणवर्गे एकं सूत्रं पठितवन्तः, परन्तु अहं विस्मृतवान्।
अहं चिन्तयामि तत्र घूमास्था गापा जहाति सांहलि इति सूत्रेण तत्र पाधातोः रूपं पिबति इति भवति इति अहं चिन्तयामि।
तत्र बकारः आदेशः भवति किञ्चित् सूत्रेण इति कदाचित् भवती उक्तवती तत् सूत्रेण अस्ति इति भाति.
अस्तु, अत्र किञ्चित् अहं पूर्वमपि उक्तवती परसवर्णसन्धिः किञ्चित् अत्र पीत्वा अनन्तरं गच्छतु इति भवति. अग्रिमं वाक्यं पठतु महोदय.
सा पत्रं लिखितवती प्रेषितवती. सा पत्रं लिखित्वा प्रेषितवती. सा पत्रं लिखित्वा प्रेषितवती. अत्र गुणकार्यं न भवति.
सुन्दरम्. अत्र लिखित्वा इडागमः अस्ति वा?
अत्र इडागमः अस्ति. अत्र लिख् लिख् अनन्तरम् इकारः श्रूयते. इडागमः तु अस्ति.
इत्युक्ते लिख् धातुः अपि सेट्.
आम्, लिख् धातुः अपि हलन् धातुः अस्ति. यतः अतः सेट् अस्ति.
सेट् अस्ति. अत्र पश्यतु, लिख् धातुः सेट् अस्ति इति कृत्वा लिखित्वा इति त्वान्तरूपम् आगच्छति. किन्तु तुमुन्नन्तरूपं वदतु.
तुमुन्नन्तरूपं लिखितवत् इति. तत्रापि इडागमः भवति
महोदय. अत्र एकवारं
तुमुन् लेखितुम् इति अस्ति. तत्रापि इडागमः भवति परन्तु रूपं लेखितुम् अस्ति.
अत्र किञ्चित् चिन्तनं कुर्मः. अत्र पश्यन्तु, लिखित्वा इति तत्र इडागमः अस्ति, लिखित्वा इति अस्ति. किन्तु तुमन्नन्तरूपं पश्यामश्चेत् लेखितुम् इति भवति. तत्र गुणकार्यं किमर्थम्?
तत्र गुणकार्यम् अस्ति यतोहि तुमुन् प्रत्ययः आर्धधातुकः अस्ति, अपि च कित् णित् नित् णित् भिन्नः अस्ति.
सुन्दरं सुन्दरं सुन्दररीत्या उक्तवान्. कित् णित् णित् यित् चतुर्षु अन्यतमः नास्ति. तदर्थम् अत्र लेखितुं तत्र गुणकार्यं कृत्वा लेखितुं तुमन् प्रत्ययः कित् नास्ति. कित् तादृशरीत्या तत्र गुणकार्यस्य प्रसक्तिः भवति. अतः एव तुमुन्नन्तं रूपं लेखितुं तत्र गुणकार्यम् अपि भवति, इडागमः अपि भवति. लेखितुं तत्र इडागमः अस्ति अपि च गुणकार्यम् अपि भवति. किन्तु कृत्वाप्रत्ययान्त लिखित्वा तत्र केवलम् इडागमः एव अस्ति. अग्रिमं वाक्यं पठतु महोदय.
भवन्तः वार्तां शृण्वन्ति, विषयं जानन्ति. भवन्तः वार्तां श्रुत्वा विषयं जानन्ति.
श्रुत्वा तत्र धातुः कः?
तत्र धातुः श्रु धातुः अस्ति. अत्र इडागमः न भवति यतोहि श्रु धातुः अजन्तधातुः अस्ति.
उत्तमम्. तदर्थं केवलं वर्णमेलनं भवति श्रुयोगः त्वा श्रुत्वा. अपि च जानन्ति, जानन्ति तस्य क्तान्तरूपं किं किं महोदय?
त्वान्तरूपं
तत्र किं भवति?
तत्रापि इडागमः न भवति यतोहि ज्ञा धातुः अपि अजन्तधातुः अस्ति.
अजन्तधातुः रूपं ज्ञात्वा. उत्तमम्. अग्रिमं पठतु.
वयं नाटकं पश्यामः, गृहम् आगच्छामः. वयं नाटकं दृष्ट्वा गृहम् आगच्छामः. अत्रापि इडागमः न भवति परन्तु धातुः तु हलन्तधातुः अस्ति.
हलन्तधातुः, दृष्धातुः, हलन्तधातुः इत्युक्ते अपवादः. अत्र दृष्धातोः रूपं दृष्ट्वा, नाटकं दृष्ट्वा. अत्र कृत्वान्तरूपम् अस्ति चेत् साधारणतया कर्मपदं स्वीकरोति. अत्र पश्यन्तु, वार्तां श्रुत्वा, नाटकं दृष्ट्वा, पत्रं लिखित्वा, पानीयं पीत्वा, फलं खादित्वा. किन्तु पतति पत् धातुः अकर्मकधातुः अस्ति इति कृत्वा तस्मिन् वाक्ये तत्र शिशुः पतति एव लिखितमस्ति, तत्र कर्मपदं नास्ति. किन्तु रोदनं तत्र क्रूधातुः अस्ति इति कृत्वा रोदनम् इत्युक्ते यत्र कुत्रापि सकर्मकधातुः अस्ति चेदेव तत्र तस्मिन् वाक्ये कर्मपदं सम्भवति. अत्र नाटकं दृष्ट्वा, किन्तु यथा भवान् उक्तवान् इडागमः न भवति. अत्र आगच्छामः इति पदमस्ति, तत्र रूपं किं महोदय वदतु?
तत्र गम् धातोः गम् धातु उपसर्गपूर्वकः गम् धातुः अस्ति, तस्मात् लट्लकारे उत्तमपुरुषे बहुवचने अस्ति.
अत्र त्वान्तरूपं सम्भवति वा?
त्वान्तरूपम् अस्ति न भवति, यतोहि उपसर्गः अस्ति. अत्र ल्यबन्तरूपम् अस्ति आगम्य इति.
अत्र एकं वदामि, अत्र आगम्य इति रूपमपि समीचीनम्, आगत्य तत्र रूपद्वयं रूपद्वयं सम्भवति, आगत्य अथवा आगम्य रूपद्वयमपि साधु. अन्तिमं वाक्यं करोतु.
ताः बालिकाः विषयं स्मरन्ति सम्यक् लिखन्ति. ताः बालिकाः विषयं स्मृत्वा सम्यक् लिखन्ति. अत्रापि इडागमः न भवति, यतोहि स्मृधातुः अजन्तधातुः अस्ति.
स्मृधातोः रूपं स्मरति अजन्तधातुः इति कृत्वा अत्र इडागमानुकूलता नास्ति इति कृत्वा तत्र केवलं स्मृत्वा, केवलं वर्णमेलनं स्मृ योगः त्वा स्मृत्वा इति भवति. धन्यवादः महोदय. शीघ्रम् अत्र गीताञ्जलिभगिनी एतानि पदानि एकवारं पठतु, अत्र विशेषरूपाणि.
आं भगिनी, विशेषरूपाणि ददाति दत्त्वा, गृह्णाति गृहीत्वा, प्रक्षालयति प्रक्षाल्य, आगच्छति आगत्य, अस्ति भूत्वा, रोदिति रुदित्वा, उत्तिष्ठति उत्थाय, स्वीकरोति स्वीकृत्य, पृच्छति पृष्ट्वा, उपविशति उपविश्य, आनयति आनीय, आह्वयति आहूय.
अत्र क्त्वान्तपदानि कानि, ल्यबन्तपदानि कानि?
ल्यबन्तपदानि प्रक्षाल्य, आगत्य, उत्थाय, स्वीकृत्य, उपविश्य, आनीय, अपि च आहूय. सर्वे पदानि, ते सर्वे पदानि उपसर्गः भवति भवन्ति.
इत्युक्ते तेषु पदेषु उपसर्गाः सन्ति इति कारणतः तत्र ल्यबन्तरूपं सिध्यति. यदि उपसर्गः नास्ति चेत् केवलं कृत्वान्तरूपमेव सिध्यति. किन्तु एतानि रूपाणि विशेषरूपाणि, तदर्थमेव अत्र पृथक्तया कोष्टके दत्तानि सन्ति. उत्तमं. क्त्वान्तरूपाणां विषये इतोपि अग्रिमे सप्ताहे अन्यान् विषयान् ज्ञास्यामः. अधुना अत्र स्थगयाम. सर्वेषां धन्यवादः.
धन्यवादः.
धन्यवादः भगिनी.
धन्यवादः.